सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्. आदौ मङ्गलाचरणं कुर्मः. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनेये नमः. येन धौताग्रः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनेये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्. अस्तु, पूर्वस्मिन् वर्गे अदन्ताङ्गेषु आत्मनेपदिधातूनां लट्लकारसिद्धप्रत्ययान् सूत्राणाम् आधारेण वयं साधितवन्तः. अद्य वयम् अदन्ताङ्गेषु आत्मनेपदिधातूनां कृते लोट्लकारसिद्धप्रत्ययानां निर्माणावसरे आवश्यकानि नूतनानि सूत्राणि अवलोकयामः. लोट्लकारप्रसङ्गे परस्मैपदिधातूनां प्रसङ्गे यानि सूत्राणि अपेक्षितानि तेषु कानिचन सूत्राणि अत्रापि अपेक्षितानि भवन्ति. यथा आडुत्तमस्य पिच्च इति सूत्रं परस्मैपदिधातूनां प्रसङ्गे सिद्धप्रत्ययानां निर्माणावसरे आडुत्तमस्य पिच्च इति सूत्रं वयं पठितवन्तः. तत् सूत्रमपि अद्य आवश्यकमस्ति. इतोपि नूतनानि सूत्राणि अपि अपेक्षितानि. पुनस्मरणत्वेन तिङन्तपदनिर्माणप्रसङ्गे किञ्चित् स्मारयामि. तिङ्गन्तपदस्य निर्माणावसरे तत्र त्रीणि सोपानानि सन्ति. कश्चित् धातुः अस्ति, तिङ्गन्तपदनिर्माणावसरे धातोः परं कर्त्रर्थकसार्वधातुकतिङ्प्रत्ययः अस्ति चेत् सार्वधातुकप्रक्रियायां धातुगणम् अनुसृत्य गणवीकरणप्रत्ययः आयाति. गणवीकरणप्रत्ययं निमित्तीकृत्य धातुरूपी अङ्गे अङ्गकार्यं भवति. तत्र सन्धिकार्यम् आवश्यकं चेत् तदपि करणीयमस्ति. गणविकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं कुर्मः. अङ्गकार्यानन्तरं तत्र धातुविकरणयोः मेलनं कुर्मः. धातुविकरणयोः मेलनेन तिङ्प्रत्ययस्य कृते अङ्गं सिद्ध्यति. इदं प्रथमं सोपानमस्ति. अङ्गनिर्माणं भवति. अङ्गस्य अन्ते ह्रस्व अकारः अस्ति चेत् अदन्तम् अङ्गम् इति वदामः. चतुर्षु गणेषु अदन्तम् अङ्गं सिद्ध्यति. एतत् सर्वं कार्यम् एकस्मिन् प्रकोष्ठे भवति. इत्युक्ते तिङ्प्रत्ययस्य कृते अङ्गनिर्माणम् एकस्मिन् प्रकोष्ठे भवति. इदं प्रथमं सोपानं. द्वितीये सोपाने इत्युक्ते अन्यस्मिन् प्रकोष्ठे मूलतिङ्प्रत्ययं स्वीकृत्य लकारम् आश्रित्य, इत्युक्ते भिन्नभिन्नलकारेषु भिन्नभिन्नप्रत्ययादेशाः भवन्ति खलु, अन्यस्मिन् प्रकोष्ठे मूलतिङ्प्रत्ययं स्वीकृत्य लकारम् आश्रित्य भिन्नभिन्न आदेशाः भूत्वा तत्र सिद्धतिङ्प्रत्ययस्य निर्माणं भवति. तत्तु द्वितीयं सोपानमस्ति. सिद्धतिङ्प्रत्ययस्य निर्माणानन्तरं तत्र सिद्धतिङ्प्रत्ययं निमित्तीकृत्य धातुविकरणयोः मेलनेन यदङ्गं सिद्ध्यति तस्मिन् अङ्गकार्यं कुर्मः. तत्रापि सन्धिकार्यम् अपेक्षितं चेत् सन्धिकार्यं करणीयमेव. अङ्गसिद्धतिङ्प्रत्ययोः मेलनं कुर्मः. तत्तु तृतीयसोपानमस्ति. अङ्गसिद्धतिङ्प्रत्ययोः मेलनम् इति तृतीयं सोपानमस्ति. एवं रीत्या त्रीणि सोपानानि भवन्ति तिङ्प्रत्ययनिर्माणार्थम्. इत्युक्ते इमानि कार्याणि भिन्नभिन्नप्रकोष्ठेषु भवन्ति इति वयं ज्ञातवन्तः. अद्य वयम् अदन्त अङ्गेषु, इत्युक्ते चतुर्षु गणेषु अदन्तमङ्गं सिद्ध्यति. अदन्त अङ्गेषु आत्मनेपदिधातूनां लोट्लकारसिद्धप्रत्ययानां निर्माणं कथं भवति. आत्मनेपदम् इति कथनेन तत्र सूत्रमस्ति खलु, अनुदात्तनित आत्मनेपदम् इति सूत्रमस्ति. इत्युक्ते धातुः अनुदात्तेत् चेत्, नित् चेत्, सः धातुः आत्मनेपदिधातुः भवति. अपि च अन्यत् सूत्रमस्ति, स्वर्तनिते कर्तृभिप्राये क्रियाफले इति सूत्रमपि अपेक्षितमस्ति. क्रियाफलं कर्तारं प्रति गच्छति चेत् सः धातुः आत्मनेपदी भवति इति अपि वयं ज्ञातवन्तः. अतः अनुदात्तनित आत्मनेपदं स्वरितनित कर्तृभिप्राये क्रियाफले इति सूत्रेण अपि आत्मनेपदिधातुः भवति इति वयं ज्ञातवन्तः. अदन्ताङ्गेषु आत्मनेपदिधातूनां लोट्लकारप्रसङ्गे के के आदेशाः भवन्ति सिद्धप्रत्ययनिर्माणावसरे इति प्रकृतिविषयः अस्ति. अपि च सार्वधातुकलकारेषु सोपानानि समानानि. सार्वधातुकलकारेषु क्रमः समानः अस्ति. किमर्थं चेत् तत्र धातुगणम् अनुसृत्य गणवीकरणप्रत्ययः आयाति. इत्युक्ते चतुर्षु लकारेषु तत्र सोपानानि समानानि भवन्ति. क्रमः समानः अस्ति. इत्युक्ते सार्वधातुकलकारेषु चतुर्षु लकारेषु गणवीकरणप्रत्ययः आयाति. अतः तत्र क्रमः समानः अस्ति किन्तु अपरेषु षट्सु लकारेषु सिद्धतिङ् प्रत्ययानां निर्माणावसरे भिन्नसोपानानि सन्ति इत्युक्ते आर्धधातुकलकारेषु क्रमः भिन्नः तत्र सोपानानि भिन्नानि अथवा सोपानानि आर्धधातुकलकारेषु समानानि भवन्ति तत्र लकारनिमित्तिकगणविकरणप्रत्ययः आयाति इति वयं पठितवन्तः अपि च आत्मनेपदिधातूनां प्रसङ्गे लट् लकार सिद्धतिङ् प्रत्यय निर्माणावसरे वयं त्रीणि सूत्राणि दृष्टवन्तः गते वर्गे टित आत्मनेपदानां टेरे आतोनितः थासहसे टित आत्मनेपदानां टेरे थासहसे आतोनितः इति सूत्राणि टित्स् लकारेषु कार्यं कुर्वन्ति लोट् लकारः अपि टित् लकारः खलु अतः लोट् लकारप्रसङ्गे अपि तेषां सूत्राणां प्रसक्तिः अस्ति किन्तु कुत्र कुत्र आतोनितः इति सूत्रस्य प्राप्तिः न भवति किमर्थं न भवति इति अद्य एकवारं परिशीलयामः आतोनितः इति सूत्रमस्ति खलु तत् सूत्रम् अदन्ताङ्गेषु सार्वधातुकनित् प्रत्ययेषु एव कार्यं करोति इत्युक्ते सार्वधातुकपित् प्रत्ययेषु तस्य कार्यं न भवति लोट् लकारे उत्तमपुरुषे एकवचने द्विवचने बहुवचने पित्वम् अध्यारोपितं भवति वयं पूर्वं पठितवन्तः परस्मैपदीधातूनां सिद्धप्रत्ययानां निर्माणावसरे आडुत्तमस्य पिच्च इति सूत्रं पठितवन्तः तेन सूत्रेण तत्र वयम् आनि आव आम इति सिद्धप्रत्ययान् निर्मितवन्तः उत्तमपुरुषे एकवचन द्विवचन बहुवचनप्रत्ययान् निर्मितवन्तः तस्मिन् सन्दर्भे आडुत्तमस्य पिच्च इति सूत्रं वयं पठितवन्तः तत् सूत्रम् आगत्य तत् सूत्रम् आत्मनेपदीनां कृते कार्यं करोति वा परस्मैपदीनां कृते कार्यं करोति वा इति तत्र संशयः नास्ति द्वयोः कृते तस्य अवसरः अस्ति तेन सूत्रेण लोट् लकारे आर्तमस्य पिच्च सूत्रेण पित्वम् अध्यारोपितं भवति चेत् आत्मनेपदिप्रत्ययानां प्रसङ्गे अपि उत्तमपुरुषे पित्वम् अध्यारोपितं भवति चेत् आतोनितः इति सूत्रस्य कार्यं न भवति आतोनितः इति सूत्रे सार्वधातुकनित् प्रत्ययेषु इति स्पष्टतया उक्तमस्ति आतोनितः इति उक्तमस्ति नितः इति पदस्य अवसरः कः इत्युक्ते सार्वधातुकनित् प्रत्ययेषु तस्य कार्यं भवति लोट् लकारप्रसङ्गे उत्तमपुरुषे प्रत्ययाः पितः भवन्ति पित्वम् अध्यारोपितं भवति आडागमः भवति आडुत्तमस्य पिच्च इति सूत्रेण एते प्रत्ययाः त्रयः प्रत्ययाः पितः अपि भवन्ति अतः आतोनितः इति सूत्रस्य कार्यं तत्र न भवति टित आत्मनेपदानां टेरे इति सूत्रं सामान्यसूत्रमस्ति तत् सूत्रं प्रबाध्य अन्यानि नूतनानि सूत्राणि अपि विशेषसूत्राणि अपि अपेक्षितानि भवन्ति लोटि प्रसङ्गे एवमेव थासहसे सूत्रमपि पूर्वं पठितवन्तः तस्य प्रसक्तिः अपि अद्य अस्ति अपि च टित आत्मनेपदानां टेरे इति सूत्रस्य प्रसङ्गे वयं संज्ञासूत्रमपि पठितवन्तः टि संज्ञा नाम किम् इति वयं दृष्टवन्तः तत्र अचोन्त्यादि टि इति सूत्रं संज्ञासूत्रं वयं पठितवन्तः टित आत्मनेपदानां टेरे इति सूत्रं टित् विशिष्टं सूत्रं टित्सु लकारेषु एव तस्य कार्यं भवति तत् सूत्रं सामान्यसूत्रमस्ति किन्तु लोटि प्रसङ्गे तत्र विशेषः अपि अस्ति टित आत्मनेपदानां टेरे सूत्रं बाधित्वा अन्यानि सूत्राणि अपि अपवादबलेन केषुचित् स्थलेषु कार्यं कर्तुम् आयान्ति अपि च आत्मनेपदी प्रत्ययानां प्रसङ्गे प्रथमपुरुषे एकवचनप्रत्ययः ता अस्ति खलु ता प्रत्ययः अस्ति खलु ता इत्यस्मिन् प्रत्यये तकारोत्तरवर्ति अकारः अस्ति खलु सः अकारः एव तत्र अचुवर्णः अस्ति सः अचुवर्णः एव अन्तिम अचुवर्णः एकः एव अचुवर्णः अस्ति सः एव प्रथमः सः एव अन्तिमः तस्यां दशायां तत्र एकं सूत्रम् अपेक्षितमस्ति आद्यन्तवदेकस्मिन् इति एकं सूत्रमस्ति नूतनं सूत्रम् आद्यन्तवदेकस्मिन् किमर्थं तत् सूत्रम् अपेक्षितम् इत्युक्ते आत्मनेपदिधातूनां प्रथमपुरुष एकवचनप्रत्ययः ता प्रत्ययस्य प्रसङ्गे तत्र टी भागः कः इति प्रश्ने सति तकारोत्तरवर्ति अकारः एकः एव अस्ति आ एव तत्र टी भागः अस्ति अकारस्य स्थाने टित आत्मनेपदानां टेरे इति सूत्रेण टित्सु लकारेषु आत्मनेपदिधातूनां प्रसङ्गे अन्ते स्थितस्य टी भागस्य एकारादेशः भवति इति वयं पठितवन्तः लट् लकारप्रसङ्गे ते इति सिद्धप्रत्ययस्य निर्माणं कृतवन्तः तत्र तकारोत्तरवर्ति अकारः एकः एव अचुवर्णः अस्ति एवमेव इड् इड् इत्यत्रापि डकारः इति संज्ञकः उत्तमपुरुषे एकवचनप्रत्ययः इड् प्रत्ययः अस्ति तत्र डकारः इत्संज्ञकः इ एव अवशिष्यते इत्युक्ते तत्र एकः एव अचुवर्णः अस्ति सः एव टी भागः भवति. तस्मिन् प्रसङ्गे आद्यन्तवदेकस्मिन् इति सूत्रम् अपेक्षितमस्ति. इत्युक्ते एकस्मिन् शब्दे एकः एव वर्णः अस्ति चेत् सः एव वर्णः आदिवत् कार्यं करोति, सः एव वर्णः अन्तवदपि कार्यं करोति. इत्युक्ते कुत्रचित् आदिवर्णम् अनुसृत्य कार्यम् उक्तमस्ति चेत् सूत्रेषु तस्मिन् शब्दे एकः एव अचुवर्णः अस्ति चेत् सः एव एकः वर्णः एव आदिवर्णसंज्ञां प्राप्नोति. एवमेव कस्मिंश्चित् सूत्रे अन्तिमवर्णम् अनुसृत्य कार्यं भवति इति उक्तमस्ति चेत् एकस्मिन् शब्दे एकः एव अचुवर्णः अस्ति चेत् सः एकः वर्णः एव अन्तवत् कार्यं करोति. तस्मिन् सन्दर्भे आद्यन्तवदेकस्मिन् इति सूत्रम् अपेक्षितमस्ति. आदि अन्तवत् एकस्मिन् पदविभागं कुर्मः चेत्, पदच्छेदं कुर्मः चेत् आदि अन्तवत् एकस्मिन् इति वक्तव्यमस्ति. आदि अन्तवत् इति अव्ययपदमस्ति, एकस्मिन् इति सप्तमी विभक्ति एकवचनरूपमस्ति. इदं सूत्रं परिभाषासूत्रमस्ति, अतिदेशसूत्रमपि. एकस्मिन् आदि अन्तवत् अस्मिन् सूत्रे पदद्वयमेव अस्ति इति तत्र स्मर्तव्यः अंशः. अपि च आत्मनेपदिधातूनां प्रसङ्गे मूलप्रत्ययान् वयं जानीमः. ता आतां झ था सा थां ध्वम् इड्वहि महिङ् इति प्रत्ययाः सन्ति खलु. महिङ् इत्यत्र ण्यकारः अस्ति. ण्यकारस्य प्रयोजनं किम् इति प्रश्ने सति तङ् प्रत्याहारस्य निर्माणार्थं, तिङ् प्रत्याहारस्य निर्माणार्थं तत्र ण्यकारः योजितः. तदेव ण्यकारस्य प्रयोजनमस्ति. महिङ् इत्यत्र ण्यकारः अस्ति. ण्यकारस्य प्रयोजनं किम् इति प्रश्ने सति प्रत्याहारनिर्माणार्थं तङ् तिङ् अनयोः प्रत्याहारयोः निर्माणार्थं ण्यकारः स्थापितः इति स्मर्तव्यः अंशः. अद्य वयं लोटि प्रसङ्गे सिद्धप्रत्ययान् निर्मामः. भगिनी भवती आरम्भं कर्तुम् इच्छति वा?
कुतः पठ
लट्लकारः अभवत् खलु. आत्मनेपदे लोट्लकारस्य तिङ्प्रत्ययसिद्धिः नियमाः.
आत्मनेपदे लोट्लकारस्य तिङ्प्रत्ययः सिद्धिः तदारभ्य नियमाः तत्र पठनीयं वा भगिनि?
पठतु.
अत्र प्रथमनियमः अस्ति परस्मैपदे लटि यत्र यत्र इ लोटि तत्र तत्र उ, तथैव आत्मनेपदे लटि यत्र यत्र ए तत्र तत्र लोटि आम् आदेशः भवति. वस्तुतः क्रमः एवमस्ति, टित्सु टि भागस्य एत्वं भवति. लोट् अपि टित् अस्ति, अतः अत्र अपि टि भागस्य स्थाने एकारः आयाति. तदा लोटि एकारस्य स्थाने आम् इति आदेशः भवति. अत्र प्रथमनियमः आत्मनेपदे लोट् लकारस्य ये सिद्धतिङ्प्रत्ययाः तेषां सिद्धिः कथं भवति, तत्र प्रथमनियमः अस्ति परस्मैपदी लटि यत्र यत्र इ लोटि तत्र तत्र उ.
केन सूत्रेण?
आम् तत्र
एरुः.
एरुः
यत्र यत्र इ अस्ति तत्र तत्र लोटि एरुः इति सूत्रेण उ आयाति. तथा एव अत्र
तत्र एकारस्य यदा तत्र ए आत्मनेपदी लटि यत्र यत्र एकारः तत्र तत्र आम् आदेशः भवति. वस्तुतः क्रमः एवमस्ति, टित्सु टि भागस्य एत्वं भवति. प्रथम तत् परस्मे तत्र टित्सु लकारेषु तत्र टि संज्ञा भवति. तत् आत्मनेपदानां टेरे सो तत्र यः टि भागः तस्य एत्वं ए आदेशः भवति. अनन्तरं तत्र एकारस्य स्थाने तत्र आम् आदेशः भवति लोट् लकारे. सो लोट् लकारः अपि टित् लकारः, अतः तत्र तत्रापि टकारस्य इत्संज्ञा अस्ति, अतः तत्रापि टि भागस्य स्थाने प्रथमे एकारादेशः, अनन्तरं तत्र एकारस्य स्थाने आम् इति आदेशः इति प्रथमनियमः.
प्रथमसोपाने टित आत्मनेपदानां तेरे इति सूत्रेण टि भागस्य एकारादेशः भवति. यत्र यत्र एकारादेशः भवति तत्र एकारस्य स्थाने विशेष्यसूत्रेण आम् एतः, एतः आम् इति अर्थः अस्ति. आम् एतः इति सूत्रेण एकारस्य स्थाने आम् आदेशः भवति इति प्रथमनियमः. लट् लकारप्रसङ्गे टितात्मनेपदानं टीरे प्रसङ्गे वयं पठितवन्तः लोट् लकारः अपि टित् लकारः अस्ति इत्यतः तस्य सूत्रस्य प्रसक्तिः अत्रापि अस्ति. तत् सूत्रं सामान्यसूत्रम्. अग्रे
द्वितीयनियमस्ति, अत्र कश्चन विशेषनियमः अस्ति, उपरि सामान्यनियमः दत्तः. ए स्थाने आम्. अस्माभिः चिन्तनीयम् अयम् एकारः कस्मात् परः अस्ति. एकारः सकारात् परः अस्ति चेत् ए स्थाने व भवति, न तु आम्. यथा लोट् स्टित् अस्ति, अतः थासः से इत्यनेन तत्र थासः स्थाने से, तदा सकार उत्तरस्य एकारस्य स्थाने व इति आदेशः, व आदेशः. पुनः एकारः वकारात् परः अश्चेत् ए स्थाने अम् न तु आम्, अथवा आम् न तु आम्, अथवा व. यथा ध्वं द्वे ध्वम् एकारस्य. द्वितीयनियमस्ति, अत्र कश्चन विशेषः. प्रथमे तु सामान्यसूत्रेण तत्र सर्वत्र लोट् लकारे तत्र एकारस्य स्थाने आम् इति आदेशः इति सामान्यनियमः. अनन्तरं तत्र विशेषनियमः अस्ति, एकारस्य पूर्वे तत्र अस्माभिः द्रष्टव्यं तत्र किं वर्णः. यदि एकारस्य पूर्वे सकारः अस्ति चेत् तत्र तादृश एकारस्य व इति आदेशः भवति. अपि च द्वितीयमस्ति, यदि एकारस्य पूर्वे तत्र वकारः अस्ति तत्र अम् इति आदेशः भवति, न तु आम् आदेशः इति द्वितीयनियमः. यथा द्वं, सो द्वम् इति प्रथमे तत्र अम् इति भागस्य टी संज्ञा, अनन्तरं तत्र अम् स्थाने एकारः, अनन्तरम् एकारस्य स्थाने यः आम् आदेशः तं बाधित्वा तत्र व पूर्वे अस्ति चेत्
अम् आदेशः,
अम् आदेशः, आम् नास्ति अम् आदेशः, अतः द्वम् इति भवति.
अस्मिन् परिच्छेदे विशेषनियमः उक्तः. वस्तुतः टितात्मनेपदानां तेरे इति सूत्रं सामान्यसूत्रमस्ति, तत् सूत्रं प्रबाद्य थासहसे इति सूत्रं कार्यं कर्तुं शक्नोति. उपरितने परिच्छेदे आमेतः प्रसङ्गे उक्तमस्ति, एतः आम् इत्युक्ते यत्र यत्र टी भागस्य स्थाने एकारादेशः भवति, यत्र यत्र एकारः अस्ति प्रत्ययस्य अन्ते तत्र तत्र एकारस्य स्थाने आमेतः इति सूत्रेण आम् इति आदेशः भवति इति सामान्यनियमः. किन्तु सः एकारः कस्मात् परः अस्ति, एकारात् पूर्वं कः वर्णः अस्ति इति अपि द्रष्टव्यम्. एकारात् पूर्वं सकारः अस्ति चेत् तत्र एकारस्य स्थाने वा आदेशः भवति, न तु आम्. तत् सूत्रं स्थलद्वये कार्यं कर्तुं शक्नोति. अस्मिन् परिच्छेदे न केवलम् आमेतः सवाभ्यां वामौ इति सूत्रस्य प्रसङ्गे अपि उक्तमस्ति, सवाभ्यां वामौ इति उक्तमस्ति. तस्य सूत्रस्य सारांशः अस्मिन् परिच्छेदे दत्तमस्ति. तत् सूत्रं स्थलद्वये कार्यं कर्तुं शक्नोति. एकारात् पूर्वं सकारः अस्ति चेत् ये स्थाने वा आदेशः, एवमेव एकारात् पूर्वं वकारः अस्ति चेत् अम् आदेशः न तु आम्. आमेतः इति सूत्रेण आम् आदेशः भवति चेत् द्वाम् इति रूपम् आयाति, तत्तु अनिष्टं रूपम्. इत्युक्ते प्रत्ययस्य इष्टरूपसिद्ध्यर्थं तत्र सवाभ्यां वामौ इति विशेषसूत्रम् आयाति इति अस्य परिच्छेदस्य सारांशः. अग्रे वदतु.
आं भगिनि, तत्र तृतीयनियमस्ति, उत्तमपुरुषस्य एकारस्य स्थाने ऐकारादेशः भवति. सो उत्तमपुरुषे प्रथमे तत्र टी भागस्य एकारादेशः, अनन्तरं तत्र आम् बाधित्वा ऐकारादेशः भवति, तत्रापि आम् आदेशः न भवति. उत्तमपुरुषे ये त्रीणि प्रत्ययाः सन्ति तेषां विषये ऐकारादेशः भवति लोटि आत्मनेपदीविषये. अग्रे तत्र चतुर्थबिन्दुः अस्ति, लोट् लकारस्य उत्तमपुरुषस्य आडागमः भवति इति तु पूर्वमेव उक्तं. परस्मैपदस्य लोटि उक्तम्, आत्मनेपदी अपि अस्ति प्रसक्तिः. लोट् लकारस्य उत्तमपुरुषस्य तत्र आडागमः भवति, आड् उत्तमस्य पिच् तदेव सूत्रमस्ति. तदेव सूत्रम्
आट् उत्तमस्य पिच् इत्युक्ते तेन सूत्रेण न केवलम् आडागमः, सः प्रत्ययः पित् अपि भवति इति अर्थः खलु.
इत्युक्ते उत्तमपुरुषे तत्र कार्यद्वयम्, एकमस्ति तत्र एकारस्य स्थाने ऐकारादेशः, अनन्तरं तत्र आड् आगमः अपि भवति, आट् आगमः अपि भवति प्रत्ययानाम्.
इत्युक्ते परस्मैपदीधातूनां विषये, परस्मैपदीसंज्ञकप्रत्ययानां विषये आनि आव आम इति प्रत्ययान् वयं साधितवन्तः. सः आकारः कुतः आगतः इत्युक्ते आडुत्तमस्य पिच्च इति सूत्रेण एव आट् आगमः भवति इत्यतः आकारः आगतः. एवमेव अत्रापि ऐ आवहै आमहै इति प्रत्ययान् साधयामः. इत्युक्ते उत्तमपुरुषप्रत्ययेषु आकारः श्रूयते, सः आकारः आट् आगमनेन अभवत्. आडुत्तमस्य पिच्च इति आट् उत्तमस्य इति उक्तमस्ति खलु, इत्युक्ते तत्सूत्रम् उत्तमपुरुषप्रत्ययानां प्रसङ्गे एव कार्यं करोति. लोट् लकारप्रसङ्गे उत्तमपुरुषत्रयः प्रत्ययाः सन्ति, उत्तमपुरुषत्रयाणां प्रत्ययानां प्रसङ्गे एव तस्य सूत्रस्य कार्यमस्ति. पञ्चमबिन्दुः,
अदन्त अङ्गात् परस्य आकारस्य स्थाने इत्वं स्यात् इत्यस्य नियमस्य प्रसक्तिः भवति तित्सु अपि नित्सु अपि, अङ्गम् अदन्तम् अस्ति चेद्. सो टित्सु लकारेषु तत्र एकम् अन्यत् कार्यमस्ति, टित्सु अपि च नित्सु, तत्र सर्वत्र एतस्य प्रसक्तिः अस्ति. तत्र अदन्ताङ्गम् अस्ति चेत् तस्य परे तत्र दीर्घाकारः अस्ति चेत् तस्य ईत्वं भवति, ईकारादेशः भवति.
आतोनितः सूत्रं पठितवन्तः खलु पूर्वं, तस्मिन् प्रसङ्गे एव अत्र सरलरीत्या उक्तमस्ति. वस्तुतः तत्र इय आदेशः भवति, किन्तु तत्र लोपो व्योर्वलि इति सूत्रेण वलिपरे तत्र यकारलोपः भवति, तत् कार्यम् अदन्त अङ्गेषु एव भवति, अपि च टित्सु लकारेषु नित्सु लकारेषु अपि तस्य कार्यमस्ति. तस्मिन् सूत्रे किमुक्तमस्ति, सार्वधातुक नित् प्रत्यये परे तस्य कार्यं भवति, इत्युक्ते प्रत्ययपित्वम् अस्ति चेत् तस्य कार्यं न भवति. आतोनितः इति सूत्रस्य सारांशः पञ्चमबिन्दौ लिखितमस्ति, भवती वदतु.
आम्, तत् अतः अङ्गात् नित् सार्वधातुकस्य आतो इयः इति भवति. इत्युक्ते अदन्ताङ्गम् अस्ति चेत् तत्र यदि तस्य परे कोऽपि सार्वधातुक नित् लकारः अस्ति,
नित् प्रत्ययः,
आं सोरि, नित् प्रत्ययः, सार्वधातुक नित् प्रत्ययः अस्ति चेत् तस्मिन् दीर्घ आकारः अस्ति चेत् दीर्घ आकारस्य स्थाने तत्र इय इति आदेशः भवति.
परस्मैपदी प्रत्ययानां प्रसङ्गे तादृशप्रत्ययः नास्ति, केवलम् आत्मनेपदप्रत्ययानां प्रसङ्गे एव तत्र आकारयुक्तप्रत्ययः अस्ति इति मम अवगमनमस्ति. इत्युक्ते इदं सूत्रम् आत्मनेपदप्रत्ययानां प्रसङ्गे एव कार्यं करोति खलु.
आम्, तत्र तिप्तजी सिप्तस्वामिपस्मसाम् तत्र आकारः कुत्रापि न श्रूयते, अतः आत्मनेपदी एव अस्य सूत्रस्य प्रसक्तिः अस्ति.
नियमानां विषये इतोपि किं ज्ञातव्यम्? अत्र नियमान् पठितवती, प्रत्येकं प्रत्ययं स्वीकृत्य रूपसिद्धिं कुर्मः, वदतु.
आम्, इत्युक्ते तत्र लोटि तत्र यत्र यत्र टित्लकार लोट् इति टित्लकारः अस्ति, अतः तत्र प्रथमे अस्माभिः तत्र चिन्तनीयं टित आत्मनेपदानां टेरे इत्यनेन तत्र आत्मनेपदी टित् लकारः अस्ति चेत् तत्र टि वागस्य एकारादेशः भवति, परन्तु लोटि एकारस्य स्थाने तत्र अनन्तरं तत्र एकारस्य स्थाने तत्र किं भवति, आम् इति आदेशः, आम् आदेशः भवति. परन्तु आम् आदेशः सर्वत्र न भवति, यत्र एकारस्य पूर्वे सकारः अस्ति तत्र वकारादेशः, यत्र एकारस्य पूर्वे वकारः अस्ति तत्र अम् आदेशः भवति. अनन्तरं तत्र उत्तमपुरुषे अपि आम् आदेशः न भवति. सो आम् आदेशः इत्युक्ते तत्र एकारस्य स्थाने तत्र आम् बाधित्वा ऐकारादेशः भवति, अतः तत्र अपि आम् न श्रूयते लोटि. अपि च तत्र उत्तमपुरुषे एकम् अन्यत् कार्यम् अस्ति, तत्र आडागमः अपि करणीयम्. अनन्तरं तत्र यदि अङ्गम् अदन्तम् अस्ति चेत् तत्र आकारस्य तत्र इय इति आदेशः भवति. एतानि कार्याणि लोटि आत्मनेपदी प्रत्ययानां प्रसङ्गे.
आताम् आथाम् अनयोः प्रसङ्गे आतोनितः इति सूत्रस्य कार्यमस्ति. अत्र पञ्चमबिन्दुः आताम् आथाम् अनयोः प्रसङ्गे दत्तमस्ति. उत्तमपुरुषस्य प्रसङ्गे लोट् लकार उत्तमपुरुषप्रसङ्गे आडागमः भवति, सर्वत्र न भवति, केवलम् उत्तमपुरुष त्रिषु प्रत्ययेषु एव तत्र आडागमः भवति, किन्तु आतोनितः इति सूत्रस्य प्राप्तिः प्रथमपुरुषद्विवचनप्रत्ययः आताम् मध्यमपुरुषद्विवचनप्रत्ययः आथाम् अनयोः प्रसङ्गे अस्ति।
किमर्थम् उत्तमपुरुषे यदा तत्र आडागमः भवति तस्य आकारस्य ये आदेशः किमर्थं भवति?
किमर्थं चेत् तत्र पित्वम् अस्ति खलु भगिनि, लोट्लकारे उत्तमपुरुषस्य पित्वम् अस्ति, आडुत्तमस्य पिच्च इति सूत्रेण पित्वम् अध्यारोपितं भवति चेत् ते प्रत्ययाः पितः भवन्ति, किन्तु इदं सूत्रं सार्वधातुकनित्यप्रत्यये परे एव कार्यं कर्तुं शक्नोति।
आमामां भगिनि, आतोन्यतः इति सूत्रं केवलं सार्वधातुकस्य नित्प्रत्ययस्य एव ईत्वं भवति, न तु सार्वधातुक पित् प्रत्ययस्य। आम्, तत्र पित्वम् अध्यारोपिते आडुतमस्य पिच्छ इत्यनेन, अतः तत्र उत्तमपुरुषे तत्र आकारस्य इय इति आदेशः न भवति। आमाम्,
उत्तमरीत्या उक्तवती भगिनि, धन्यवादाः। अस्तु, मनीषा भगिनी भवती करोतु अग्रे।
नियमान् अनुसृत्य कार्यम् एवम्, त अ इति टि भागः, तस्य स्थाने एकारः, ते एकारस्य स्थाने आम् आदेशः, त योगः आम्, ताम् इति लोट् प्रत्ययः निष्पन्नः। तर्हि नियमाः वयम् इदानीम् एव पठितवन्तः, तेषाम् आधारेण अत्र सिद्धतिङ् प्रत्ययानां कथं निष्पन्नता भवति इति अस्ति। तर्हि प्रथमः तु त इति प्रथमपुरुष एकवचन आत्मनेपदी लोट् लकारस्य प्रत्ययं स्वीकुर्मः चेत् त मध्ये यत् अचोन्त्यादि टि इति वदति यत् त मध्ये केवल एकः एव अकारः अस्ति, तर्हि आद्यन्तवदे कस्मिन् इति परिभाषया अस्य अकार एव टित् भवति।
एकवारम् आद्यन्तवदे कस्मिन् सूत्रस्य प्रसङ्गे भवती यद् जानाति तद्वदतु। तत् सूत्रं न केवलं परिभाषासूत्रं, तत् सूत्रम् अतिदेशसूत्रमपि वदतु।
आद्यन्तवदे कस्मिन् इत्युक्ते यः एक एव अच् अस्ति, यः कस्यापि आदि अपि नास्ति, कस्यापि अन्त अपि नास्ति, तथैव यदा यत्र अस्ति तर्हि तत् स्वस्य एव आदि अस्ति, अनन्तरं सः एव स्वस्य अन्ते अपि अस्ति, तेन एकः एव अच् अपि टि संज्ञा प्राप्नोति इति अस्ति। अचोन्त्यादि टि इति वदति, टि संज्ञा कस्य भवति, आद्यन्तवदे कस्मिन् सूत्रं वदति यदि एकः अच् अस्ति चेत् सः स्वस्य एव आदिमः वर्णः अस्ति, स्वस्य एव अन्तिमः वर्णः अस्ति। यावत् लोके अपि पश्यामः चेत् एकः एव यस्य पुत्रः अस्ति सः अपि तस्य प्रथमः पुत्रः अन्तिमः पुत्रः अपि समानम् सः एव अस्ति, तथैव अत्र अपि प्रयोगः अस्ति आद्यन्तवदे कस्मि।
उत्तमम्, अग्रे।
तर्हि अ इति टि भागः अस्ति, तस्य एकारस्य, तर्हि इदानीम् अ इति टि भागः अस्ति, तस्य स्थाने एकार, तर्हि अकारस्य स्थाने एकारः भवति, तेन त योगः अ अस्ति, अ इति इदानीं टि भागः अस्ति, तर्हि तस्य स्थाने एकारादेशः भवति, तेन त योग ए
केन
इदानीम् एकारः भवति टित् आत्मनेपदानां टेरे।
उत्तमम्, अग्रे।
अनन्तरं ते ते मध्ये यत् त अकार त उत्तरवर्ती यत् एकारः अस्ति तस्य एकारस्य स्थाने आम् आदेशः भवति। इदानीम् अस्य अभ्यासः न जातः इति अहं मन्ये, अग्रे तत् सूत्रमस्ति आमेतः इति सूत्रेण अत्र आम् इति आदेशः भवति, तर्हि त योग एकारस्य स्थाने आम् आदेश आमेतः इति सूत्रेण, तर्हि त योगः आम्, ताम् इति लोट् प्रत्ययः निष्पन्नः भवति।
उत्तमम्, पच् धातुः अस्ति, पच् धातुः पाके इत्यस्मिन् अर्थे अस्ति, वस्तुतः धातोः मूलरूपमस्ति डुपचंश्, इत्संज्ञकवर्णानां लोपकार्य अनन्तरं डुपचंश् इति धातुः स्वरितनितकर्तृभिप्राये क्रियाफले इति सूत्रेण उभयपदी भवति। पच् धातोः रूपाणि परस्मपदरूपाणि आत्मनेपदरूपाणि सन्ति, पच् धातोः पचताम् इति रूपमस्ति, पचतां रूपं साधयतु। पच इति अङ्गमस्ति, भुवादिगणे अस्ति धातुः,
भुवादिगणे अस्ति, तर्हि लोट् लकार भुवादिगणे, किन्तु आत्मनेपदीरूपं कुर्मः न,
आत्मनेपदीरूपं करोतु, पचताम्
पचताम् पचताम् इति अस्ति खलु, पचयोग शप् इति आयाति कर्तरि शप्, तर्हि शप् मध्ये अकार एव अस्ति, तर्हि शप् योग क्षम्यतां पच् योग शप् योगः इदानीम् अस्माकं ताम् इति प्रत्ययः अस्ति लोट्लकार प्रथम पुरुष एकवचन तर्हि पच् योग अ वर्णमेलनं पच् भवति पच् योगतां पच्यताम्
उत्तमं डुपचाश् इत्यत्र स्वरितनितकर्तृभिप्राये क्रियाफले सूत्रेण उभयपदी भवति इत्युक्ते तत्र स्वरितेत् धातुः न तु इणित् धातुः स्वरितेत् अस्ति इति कारणतः उभयपदी भवति इति स्मर्तव्यः अंशः भुवादिगणे अस्ति इति कारणतः शपायति इत्यतः अदन्तमङ्गं सिध्यति पच इति अदन्तमङ्गं मूलप्रत्ययः ता अस्ति ता प्रत्ययात् ताम् इति रूपं साधनीयं सिद्धप्रत्ययस्य रूपं ताम् भवति टित आत्मनेपदानां तेरे प्रसङ्गे किञ्चित् वदतु पठित्वा वदतु नो चेत् जानाति चेत् वदतु
अहं पठामि एव टित आत्मनेपदानां तेरे तृतीय अध्यायस्य सूत्रमस्ति टित् लकाराणां स्थाने विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां टि भागस्य स्थाने एकार आदेशः भवति क्षम्यताम् आदेशो भवति
आदेशः भवति आदेशो भवति द्वयोर्मध्ये भेदः कः
समान अस्ति अत्र सन्धि भूत्वा अस्ति आदेशः भवति वस्तुतः आदेशः भवति अस्ति किन्तु लिखितमस्ति आदेशो तेन अहं क्षम्यतां कृत्वा पुनश्च उक्तवती अत्र सन्धिः अस्ति हशिच इति सूत्रेण अत्र विसर्गस्य उकारादेश अनन्तरम् आद्गुण इति सूत्रेण उकारादेश
उत्तमं तत्र सन्धिकार्यं कृत्वा वदामश्चेत् आदेशो भवति सन्धिम् अकृत्वा वदामश्चेत् आदेशः भवति द्वयमपि साधु एव वाक्येषु सन्धिकार्यं विवक्षानुगुणं भवति
तर्हि टिट् लकाराणां स्थाने इत्युक्ते अत्र अस्माकम् इदानीं प्रवर्तमानः विषयः अस्ति लोट्लकार टिट् लकारः अस्ति यस्य टकारस्य हितसंज्ञा भवति तर्हि टिट् लकाराणां स्थाने विहितानाम् इत्युक्ते आत्मनेपदी संज्ञक ये सन्ति तेषां प्रत्ययानां टि भागस्य स्थाने तर्हि यत्र यत्र टि भाग उक्तमस्ति तत्र तत्र टि भागस्य स्थाने एकारादेशः भवति टि भाग वयं टि भाग यः अस्ति तस्य स्थाने एव एकारादेशः भवति तर्हि टि इति कथं वयं जानीमः यत् प्रत्ययः अस्ति तर्हि तस्य टि भाग कः अस्ति कथं ज्ञातुं शक्नुमः तस्य कृते एकं सूत्रम् अपि साहाय्यं कर्तुम् आयाति अहं चिन्तयामि अचोन्त्यादिटि इति संज्ञासूत्रमस्ति आचार्य
वदतु
तर्हि अचोन्त्यादिटि इति सूत्रम् अत्र साहाय्यं कर्तुम् आयाति यत् यत् सूत्रं वदति यत् सर्वे अचा किं वदामः अचः वा अचः सर्वाणां सर्वेषु अचे
अचुवर्णेषु
अन्तिम अचुवर्णं स्वीकुर्मः अन्तिम अचवर्ण अनन्तरं यदि व्यञ्जनं आरभ्य यावत्पर्यन्तम् अग्रिम अचुवर्णं न आयाति तावत्पर्यन्तं सम्पूर्णभागः टि इति वदामः इत्युक्ते आताम् इति इदानीम् अत्र अस्माकम् अस्ति आताम् प्रथमपुरुष द्विवचनमस्ति आताम् तर्हि आतां मध्ये टि संज्ञा का टि कस्य संज्ञा भवति तर्हि अत्र अच् अस्ति प्रथमम् आ अस्ति अनन्तरं तकार उत्तरवर्ती आकार अस्ति तर्हि अन्तिम अस्ति इदानीम् आकार तत् उत्तरवर्ती आकार तर्हि आकारात् अनन्तरं मकार अस्ति मकारात् अनन्तरं किमपि नास्ति तर्हि ता आम् इति अत्र टि संज्ञा भवति
उत्तमं टित आत्मनेपदानां तेरे इति सूत्रं सामान्यसूत्रं केषुचित् स्थलेषु इदं सामान्यसूत्रं प्रबाध्य इदं सामान्यसूत्रं बाधित्वा अपवादसूत्रेण केषुचित् स्थलेषु कार्यं भवति इदं सूत्रं टित् विशिष्टं सूत्रं टित्सु लकारेषु एव अनेन कार्यं भवति अपि च आत्मनेपदप्रत्ययानां प्रसङ्गे एव अस्य कार्यमस्ति न तु परस्मैपदीप्रत्ययानां विषये परस्मैपदीसिद्धप्रत्ययानां कृते अस्य सूत्रस्य कार्यमेव नास्ति खलु
आमां परस्मैपदी कृते नास्ति अस्य कार्यं
पचताम् इति रूपसाधनवेलायाम् आमेतः इति सूत्रस्य कारणेन एतः स्थाने आम् आदेशः भवति इति उक्तवती तत् सूत्रमपि पठतु आमेतः
आमेतः इति सूत्रमस्ति आमेतः द्वितीय अध्यायस्य चतुर्थपादस्य नवतितमं सूत्रं लोट्लकारस्य एकारस्य स्थाने आम् आदेशो भवति आम् प्रथमान्तम् एतः षष्ठ्यन्तम् द्विपदमिदम् सूत्रम् लोटो लङ्वत् इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् लोटः लस्य एतः आम् तर्हि आमेत् इति सूत्रमस्ति अत्र लोट्लकारस्य कृते अस्ति इति अत्र लिखितमस्ति तेन विशिष्टसूत्रमिति वक्तुं शक्नुमः यत् लोट्लकारस्य कृते अस्ति तर्हि लोट्लकारस्य एकारस्य स्थाने आम् आदेशः भवति इत्युक्ते लोट्लकारे यत्र यत्र एकारः भवति इदानीम् एकारः तु लोट्लकारे स्वयं तु नास्ति अत्र मूलप्रत्ययः पश्यामः चेत् त आतां झ था सातां द्वम् इड् वहिं महिं अत्र कुत्रापि एकारः नास्ति तेन अत्र याव यदा टित् आत्मनेपदानां तेरे इति सूत्रेण यदा टि संज्ञा अस्ति तस्य स्थाने यदा ए आका एकारः आदेशः भवति तस्य एकारस्य स्थाने एव अत्र आम् इति आदेशः भवति इति अस्य अर्थः भवति
प्रथमसोपाने इत्युक्ते पूर्वमेव यत्र यत्र एकारादेशः भवति तत्र तत्र अनेन सूत्रेण आमेतः इति सूत्रेण एकारस्य स्थाने आम् आदेशः भवति इत्युक्ते सर्वत्र अस्य सूत्रस्य प्रसक्तिः अस्ति कार्यस्थलं किम् इत्युक्ते एकारस्य स्थाने आम् आदेशः इत्युक्ते सूत्रे प्रथमान्तं पदम् आदौ दत्तमस्ति षष्ट्यन्तं पदं पश्चात् दत्तमस्ति आम् एतः आम् इति प्रथमान्तमस्ति एतः इति षष्ट्यन्तमस्ति एतः स्थाने आम् आदेशः भवति इति अर्थः अस्ति लोटो लङ्वत् इति सूत्रात् लोटः इत्यस्य अनुवृत्तिः अस्ति लोटो लङ्वत् कीदृशं सूत्रम्
लोटो लङ्वत् अतिदेशसूत्रमस्ति
तेन किं भवति
तेन लोट् लकार लङ् लङ्वत् इव भवति लङ्वत् भवति इत्युक्ते लङ् सदृश भवति कानिचन कार्याणि यत् लङ् लकारे भवति तावदेव कार्याणि यावत् लोट् लकार स्थित् अस्ति तथापि तत्रापि भवति
उत्तमम् अधुना वयं लोट् प्रसङ्गे पठन्तः स्मः खलु अत्र लङ् विशिष्टानि कार्याणि लोटि अपि भवन्ति वा नो चेत् नूतनानि सूत्राणि कार्यं कुर्वन्ति वा इति चिन्तनीयं खलु लोट् प्रसङ्गे वयं पठन्तः स्मः लोट् लकारः लङ्वत् भवति वा इत्युक्ते लङ् विशिष्टानि सूत्राणि लोटि अपि भवन्ति वा नो चेत् लोटि नूतनानि सूत्राणि सन्ति वा इति अपि चिन्तनीयम् लोटो लङ्वत् इत्यस्मिन् सूत्रे परस्मैपदीनां प्रसङ्गे अस्ति वा आत्मनेपदीनां प्रसङ्गे अस्ति वा इति किमपि स्पष्टतया न उक्तं लोट् लकारप्रत्ययः लङ्वत् प्रवर्तन्ते इति उक्तमस्ति लोटो लङ्वत् इति केवलम् अनुवृत्त्यर्थम् अत्र प्रसक्तमस्ति इदं सूत्रं केवलम् आत्मनेपदी प्रत्ययानां प्रसङ्गे एव कार्यं करोति न तु परस्मैपदी
प्रत्ययानां
किमर्थं परस्मैपदी प्रत्ययानां प्रसङ्गे अस्य कार्यं नास्ति इति प्रश्ने सति तत्र परस्मैपदि नवप्रत्ययेषु कुत्रापि एकारः नास्ति एकारः न आयाति एकारः किमर्थं न आयाति टिता आत्मनेपद्यानां टेरे इति सूत्रं कार्यं केवलम् आत्मनेपदि प्रत्ययानां विषये अस्ति खलु
आमां तत्र परस्मैपदीनां कृते भिन्नानि सूत्राणि प्रवर्तन्ते
इत्युक्ते परस्मैपदि नवप्रत्ययेषु कुत्रापि एकारः न सिध्यति खलु
आमां नास्ति तेन आत्मनेपदि प्रत्यय अस्ति तेव प्रत्ययाः सन्ति तत्र एव एतत् सूत्रं कार्यं कर्तुं शक्नोति
इत्युक्ते यत्र यत्र प्रथमसोपानेन टित आत्मनेपदानां टेरे इति सूत्रेण यत्र यत्र एकारादेशः भवति तत्र तत्र एतः स्थाने आम् आदेशः भवति एतः इति दत्तमस्ति तत्र तपरकरणं कृतमस्ति खलु
षष्ठ्यन्तम् अस्ति तपरकृतमस्ति आम् भवितुमर्हति
एतः इति षष्ट्यन्तमस्ति प्रथमान्तं वदतु एतः इति शब्दस्य प्रथमान्तम्
एत्
एत् एत् एतौ एतः
आमाम्
एत् इति कथनेन तत्र तपरकरणं कृतमस्ति
आमाम्
एतः इति षष्ट्यन्तमस्ति एतः स्थाने आम् आदेशः द्वितीयप्रत्ययस्य प्रसङ्गे पठतु
द्वितीय अस्ति प्रथमपुरुष द्विवचन् आताम् इति अस्ति तर्हि आताम् अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम् आ स्थाने इताम् आम् इति टि भागः तस्य स्थाने एकारः इति एकारस्य स्थाने आम् आदेशः इताम् इति लोट्प्रत्ययः निष्पन्नः तर्हि लोट्लकारस्य अस्ति मध्यमपुरुष द्विवचन आताम् अस्ति तर्हि अदन्तात् अङ्गात् यदि अङ्गं यत् अदन्त अस्ति धातो अङ्गं यत् प्रत्ययात् पूर्वमस्ति प्राक् यस्मात् प्रत्ययविधिस्तदाति प्रत्ययङ्गम् इति सूत्रेण वयं जानीमः यत् अङ्गं किमस्ति प्रत्ययात् पूर्वमस्ति तर्हि अदन्तात् अङ्गात् परस्य आकारस्य स्थाने तर्हि अत्र आकारः अस्ति तस्य स्थाने इत्वं भवति तर्हि इतां भवति आकारस्य स्थाने इ भवति चेन तेन अत्र इताम् इति भवति इतां मध्ये इदानीम् अचोन्त्यादि टि आत्मनेपदानां टेरे इत्यनेन एकारः भवति तर्हि अचोन्त्यादि टि इत्यनेन अत्र इतां मध्ये अपि आम् इति टि भागः अस्ति तर्हि तस्य स्थाने एकारः भवति तर्हि इ योग इत् योग आम् इति अस्ति तर्हि आम् टि भाग् तस्य स्थाने एकारादेशः तर्हि इ योगः ते इते भवति. इदानीम् एकारस्य स्थाने पुनश्च आम् इति आदेशः भवति, यत् वयम् आमेतः इति सूत्रं पठितवन्तः तेन. सम्यक् न आचार्ये?
सम्यक् एव.
तर्हि आमेतः इति सूत्रेण एकारस्य स्थाने अत्र आम् आदेशः भवति, तर्हि इकार इकार अनन्तरं ते अस्ति, तर्हि इत् योग ए, तर्हि अत्र एकारस्य स्थाने आम् इति आदेशः भवति, तेन इ योग इत् योग ताम् इत् योग आम्, तर्हि इताम् इति निष्पन्नप्रत्ययः भवति लोट्लकारस्य कृते.
पच इति अङ्गमस्ति, पच् धातुतः निर्मितम् अङ्गं पच इति अदन्तमङ्गमस्ति. इताम् इति सिद्धप्रत्ययः अस्ति, पचयोगः इतां, तत्र गुणसन्धिकार्यं भूत्वा पचेताम् इति रूपं भवति. इदानीं पचेताम् इति रूपम् आदौ टितात्मनेपदानां तेरे कार्यं भवति, तादृशरीत्या सोपानेन वदतु.
आम्, पच् पच् योग, इदानीं पच् इति धातु द्वादिगणस्य अस्ति, तेन शप् इति कर्तरि शप् इत्यनेन शप् आयाति, तर्हि पच् योग शप् योग लोट् लकारस्य प्रत्ययः अस्ति आताम्, तर्हि आत्मनेपदी प्रत्ययः आताम्, पच् योग शप् योग आताम् अस्ति. अहं लिखामि आचार्य, लिखित्वा वदामि. तर्हि पच् योग शप् शप् मध्ये अनुबन्धलोपानन्तरम् अकार एव श्रूयते, अकार एव तत्र तिष्ठति, क्षम्यतां. तर्हि पच् इति इदानीम् अस्माकम् अङ्गम् अस्ति, पच इति अङ्गं, पच योग आताम्. तर्हि आताम् अत्र पच इति इदानीम् अदन्तम् अङ्गमस्ति.
तस्मात् पूर्वं टित् विशिष्टं सूत्रं टित आत्मनेपदानां टेरे कार्यं वदतु आदौ.
तर्हि पच् इति इदानीम् आत्मनेपदी अस्ति, आत्मनेपदी रूपं वयम् इदानीं निर्माणं कुर्मः, तेन विवक्षा अस्माकम् आत्मनेपदी क्रियापदस्य अस्ति, तेन अत्र आताम् इति प्रत्ययः आयाति. तर्हि यदा आत्मनेपदी धातु आत्मनेपदी क्रियापदस्य निर्माणं भवति तदा अत्र आत्मनेपदी धातूनां कृते एकं सामान्यसूत्रम् आयाति, यत् टित् आत्मनेपदानां तेरे. तर्हि अत्र टितलकाराणां विहितानाम् आत्मनेपदसंज्ञकानां प्रत्ययानां टी भागस्य स्थाने एकारादेशः भवति.
अत्र टी भागः
आताम मध्ये टी भागः पश्यामः चेत् अचोन्त्यादिटि इति सूत्रं वदति, अचोन्त्यादिटि इति संज्ञासूत्रमस्ति, वदति यत् अत्र अचः सन्ति, अच सन्ति इति वदामि अहं. तर्हि तत्र मध्ये अन्तिम अच् अस्ति, अत्र तकारोत्तरवर्ती आकारः अन्तिम अच् अस्ति, तर्हि अन्तिम अच् अनन्तरं मकारः अस्ति, तर्हि आम् इति अत्र टि संज्ञां प्राप्नोति. तर्हि आतां मध्ये आम् इति टि संज्ञा अस्ति, तर्हि अस्य टि संज्ञा अस्ति, तस्य स्थाने आत्मनेपदानां तेरे इत्यनेन टि भागस्य स्थाने एकारः आयाति. किन्तु अत्र यत्र आकारः अस्ति, इदानीं पच योग पच पूर्णमस्ति, अत्र शप् मिलित्वा
पच
अदन्तम् अदन्तम् अङ्गम्, अनन्तरम् आते आत् ए भवति, तर्हि आते इति भवति. तर्हि अत्र इदानीम् अस्माकं पच इति अदन्तम् अङ्गमस्ति, अन्ते अकारः श्रूयते, तर्हि अदन्तम् अङ्गमस्ति चेत् अत्र आकारः अस्ति अनन्तरं, तेन अत्र अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्त्वं भवति.
इत्त्वं भवति वा नो चेत् इय आदेशः भवति वा? इय
अत्र इय आदेशः भवति चेत् इत्त्वं भवति इति न भवति, किन्तु इय आदेशः अस्ति, केन सूत्रेण अस्ति?
आतोनितः,
आतोनितः एकनिमिषम् उपरि अस्ति, अदन्तात् इय आदेशः भवति, अदन्तात् अङ्गात् परस्य सार्वधातुक् नित् प्रत्ययस्य आकारस्य स्थाने इय आदेशः भवति. तर्हि आकारस्य स्थाने इय आदेशः भवति, इय मध्ये अनुबन्धलोपानन्तरम् इ एव अवशिष्यते.
तथा नास्ति, तथा नास्ति, तकारः वल्वर्णः अस्ति इति कारणतः, वलादिप्रत्ययः अस्ति इति कारणतः इय इत्यत्र यकारलोपः भवति.
आमां, यकारस्य लोपोर्वेर्वलि इत्यनेन लोपः भवति, केवल इ इति एव अत्र अवशिष्यते. तर्हि अदन्तात् अङ्गात् अत्र पच इति अदन्तम् अङ्गमस्ति, परस्य सार्वधातुक् नित् प्रत्ययः अस्ति, सार्वधातुक् प्रत्ययः अस्ति नित् प्रत्ययस्य, तर्हि प्रत्ययः नित् अस्ति, आताम् इति नित् अस्ति. आम्, अत्र अपित् नास्ति, तेन अपित् अस्ति, तेन अपित् नित्वत् भवति, तेन अत्र नित् इति प्रत्ययः प्रत्ययस्य अस्ति. तर्हि तत्र आकारस्य स्थाने इय आदेशः भवति, तर्हि अत्र आकार अस्ति आते मध्ये, तत्र आकारस्य स्थाने इय आदेशः, इय योगते यकारस्य लोपोर्व्यर्वलि इत्यनेन लोपः भवति, तर्हि इते एव इत्र अत्र अवशिष्यते. तर्हि पच योग योगः इते भवति. इदानीम् इते अस्ति, अत्र एकारस्य स्थाने पुनश्च आम् इति आदेशः भवति
आमेतः
आम् आमेतः इति सूत्रेण अत्र इकारस्य स्थाने आम् इति आदेशः भवति एकारस्य स्थाने आम् आदेश तेन इति अस्ति तर्हि इ योग त इत् योग आम् अत्र इताम् इति भवति
बहु सम्यक् पचयोगः इताम् वदतु
इदानीं पचयोग इताम् तर्हि पचयोग इताम् अत्र चकारात् अनन्तरम् अकारः अस्ति अनन्तरम् इकारः अस्ति तर्हि अत्र संहितायाम् अस्य अधिकारः अस्ति तर्हि अत्र आद्गुण इति सूत्रेण पूर्वपरयोः स्थाने गुणसंज्ञकवर्ण एकारः आयाति तेन पचयोग पच्योग एताम् पचेताम् इति भवति
गुणसन्धिकार्यम् अस्ति आतोनितः इति सूत्रस्य प्रसङ्गे अहं पूर्वम् उक्तवती भवती अपि वदतु आतोनितः इत्यस्मिन् सूत्रे नितः इति पदस्य आवश्यकता अस्ति वा नितः इति पदं किमर्थं योजितमस्ति दलसार्धक्यम् इति वदामः दलसार्धक्यप्रसङ्गे इत्युक्ते सार्वधातुकनित्यप्रत्ययस्य प्रसङ्गे एव तत् सूत्रं कार्यं करोति इति वक्तव्यमस्ति तस्मिन् प्रसङ्गे किञ्चित् वदतु
अस्य सूत्रस्य विषयं सम्यक् न जानामि आचार्य किन्तु यावत् अत्र पठितवती वा ज्ञातवती तेन सार्वधातुक नित् प्रत्ययस्य विषये प्रत्ययस्य आकारस्य यदा अत्र नित् न लिखितमस्ति सार्वधातुक प्रत्ययस्य आकारस्य तर्हि अत्र ये नित् प्रत्ययाः न सन्ति इत्युक्ते ये पित् प्रत्ययाः सन्ति तत्र अपि एतत् सूत्रस्य प्रसक्ति वा प्राप्ति भवितुम् अर्हति यदा अत्र नित् नास्ति नित् न लिखितमस्ति चेत् दोषः भवति इष्टरूपप्राप्ति न
बहु सम्यक् तदेव श्रोतुमिच्छामि अतोनितः इति सूत्रस्य प्रसङ्गे दलसार्धक्यं तस्मिन् प्रसङ्गे ज्ञातव्यम् अस्ति सार्वधातुकनित् प्रत्ययस्य आकारस्य इय आदेशः भवति अतोनितः इति सूत्रं परस्मैपदिप्रत्ययानां प्रसङ्गे कार्यं न करोति किमर्थं चेत् परस्मैपदिप्रत्ययानां विषये तादृश आ इति प्रत्ययः नास्ति केवलम् आत्मनेपदप्रत्ययेषु एव अस्य सूत्रस्य कार्यमस्ति आतोनितः इति सूत्रस्य कार्यम् आत्मनेपदप्रत्ययेषु एव तादृशप्रत्ययः अस्ति यस्य आदौ आकारः अस्ति नितः इति पदं नास्ति चेत् ऐ आवहै आमहै इति प्रत्ययान् साधयितुं न शक्नुमः लोट्लकारप्रसङ्गे ऐ आवहै आमहै इति प्रत्ययाः सन्ति तेषां निर्माणावसरे तत्र आडुत्तमस्य पिच्च इति सूत्रेण आडागमः भवति तेषां त्रयाणां प्रत्ययानां प्रसङ्गे आडागमः भवति अपि च पित्वमपि अध्यारोपितं भवति इत्यतः उत्तमपुरुष त्रयः प्रत्ययाः पितः भवन्ति आतोनितः इत्यस्मिन् सूत्रे नितः इति पदं नास्ति चेत् तत्रापि इत्युक्ते उत्तमपुरुषप्रत्ययानां प्रसङ्गे अपि इय आदेशः भवति चेत् समस्या जायते तत्र अनिष्टरूपं सिद्ध्यति अनिष्टरूपप्रत्ययः सिद्ध्यति अतः उत्तमपुरुष त्रयाणां प्रत्ययानां प्रसङ्गे इष्टरूपसिद्ध्यर्थं तत्र ये आदेशः मा भवतु इति तत्र आशयः अस्ति अतः एव आतोनितः इत्यस्मिन् सूत्रे नितः इति उक्तमस्ति नित् सार्वधातुकप्रत्ययः अस्ति चेदेव इय आदेशः भवति यदि पित् प्रत्ययः अस्ति चेत् इय आदेशः न भवति तादृशपित् प्रत्ययः उत्तमपुरुषे एव सन्ति उत्तमपुरुषे एकवचने द्विवचने बहुवचने तत्र पित्वम् अध्यारोपितं भवति आडुत्तमस्य पिच्च सूत्रेण आडुत्तमस्य पिच्च इति सूत्रं न केवलं विधिसूत्रम् अतिदेशसूत्रमपि आडुत्तमस्य पिच्च इति अतिदेशसूत्रेण पित्वस्य अध्यारोपणेन ते प्रत्ययाः पितः भवन्ति अतः तत्र आतोनितः सूत्रस्य कार्यं मा भवतु इति अत्र आशयः अस्ति तदर्थमेव तत् पदं तस्मिन् सूत्रे प्रयुक्तम् अस्ति इति मम अवगमनम् उत्तमपुरुषे प्रत्ययस्य इष्टरूपनिर्माणार्थम् आतोनितः इत्यस्मिन् सूत्रे नितः इति पदस्य प्रयोगः कृतः अस्तु साधु भगिनि इदानीं नरसिंह हेग्डे महोदय भवान् वदतु
धन्यवादाः
पचन्ताम् महोदय वदतु झा प्रत्ययः अस्ति खलु प्रथमपुरुष बहुवचनप्रत्ययः
झा प्रत्ययः प्रथम तत्र झोन्त इत्यनेन अन्त भवति अन्त इति भवति अनन्तरं तत्र चित्तात्मनेपदं टेर् इत्यनेन अन्तिमकारस्थाने एत्वं भवति अनन्तरम् आमेत इत्यनेन आं भवति अन्ताम् इति भवति अतः पच योग अन्तां तत्र अतो गुण इत्यनेन परूपे एकादेश भूत्वा पचन्ताम् इति भवति
बहु सम्यक् एकवारं पठतु महोदय अत्र दत्तमस्ति करपत्रम् अस्ति वा पुरतः
अस्ति अस्ति ज स्थाने अन्तादेश अन्त्योग अ इति टी भागः तस्य स्थाने एकारः अन्ते एकारस्य स्थाने आम् आदेश अमेत इत्यनेन अन्तामिति लोट् प्रत्यय निष्पन्नः
पचन्ताम् वदतु
अनन्तरं पच् मध्ये शप् आगच्छति पच् योग शप् योग अ पच इति अङ्गं पचयोग इत्यनेन पचन्ताम् इति भवति
न श्रूयते महोदय इतोपि स्पष्टतया वदतु श्रोतुं न शक्नोमि
पचन्ताम् इति भवति तत्र अतोगुण इत्यनेन पचन्ताम् इति भवति
सवर्णदीर्घसन्धिं प्रबाध्य विशिष्टसूत्रेण पररूपादेशः भवति गुणसंज्ञकवर्णादेशः भवति झोन्तः इति सूत्रस्य प्रसङ्गे किञ्चित् वदतु
जकारस्य स्थाने तत्र तत्र झ मध्ये अथवा परस्मैपदी जी मध्ये चुटु इत्यनेन जकारस्य संज्ञा भवितुम् अर्हति परन्तु तद् न भवति किमर्थम् इत्युक्ते झोन्त इति प्रत्येकं सूत्रमस्ति यदा इत्संज्ञा भवति चेत् झोन्त इति तत्र व्यर्थं भवति झोन्त इति सूत्रं वदति जी अथवा ज स्थाने तत्र जकारः अस्ति तस्य जकारस्य स्थाने अन्त् इति आदेशः भवति इति वदति झोन्त इति
उत्तमम् अत्र झोन्तः सूत्रेण झकारस्य स्थाने अन्त आदेशः भवति तेन अत्र अन्त इति रूपं सिद्ध्यते अत्र टीसंज्ञकभागः कः अन्त इत्यत्र
अन्त इत्यत्र अन्तिमकारः टीसंज्ञकः अस्ति तस्य स्थाने एत्वं भवति
टेतात्मनेपदानां टेरे इति सूत्रेण अत्र टीभागस्य इत्युक्ते अकारस्य स्थाने एकारादेशः भवति तेन अन्ते इति रूपं सिद्ध्यति पश्चात्
पुनः अमेत इत्यनेन ए स्थाने आम् इति आदेशः भवति अन्ताम् इति भवति
एतः स्थाने आम् आदेशः भवति आम् एतः इति सूत्रेण अन्ततो गत्वा अत्र सिद्धप्रत्ययः कः
सिद्धप्रत्यय अन्ताम्
अन्तां पचयोगः अन्ताम् इति रूपम् अस्ति तत्र अतोगुणे सूत्रस्य कार्यं भवति उत्तमम् अग्रे मध्यमपुरुष एकवचनं
मध्यमपुरुष एकवचन थास् इति प्रत्ययः अस्ति इदानीं टिट्लकारेषु से इति आदेशः भवति तास से इति एकं सूत्रमस्ति तेन से इति आदेशः तास् स्थाने एकारस्य स्थाने आम् आदेशः प्राप्तिः तत् आमेत इत्यनेन अतः तत्र अन्यसूत्रमस्ति आम् सवाभ्यां वामो इत्यनेन आम् प्रबाद्य व आदेश इत्युक्ते तत्र एकार सकारात् परम् अस्ति चेत् तत्र वकारादेश भवति अतः तत्र स्व इति लोट् प्रत्यये निष्पन्नं भवति
अत्र टित आत्मनेपदानां टेरे इति सूत्रस्य कार्यं किमर्थं न भवति अत्र विशेषसूत्रेण थासः से इति सूत्रेण कार्यं भवति थास् स्थाने से आदेशः भवति अत्र टित आत्मनेपदानां टेरे सूत्रस्य कार्यं किमर्थं नास्ति
अत्र प्रत्येकसूत्रेण उक्तमस्ति थास् स्थाने से भवति इति अतः टित आत्मनेपदानां टे भवति चेत् तस्य थासस्य इति व्यर्थं भवति
इति एकं कारणमस्ति अपि च प्रक्रिया दीर्घा भवति इत्युक्ते टितात्मनेपदानां टेरे इति सूत्रेण कार्यं कुर्मः चेत् सकारः आनेतव्यः तदर्थम् एकं नूतनं सूत्रमपि अपेक्षितमस्ति अतिव्याप्तेः वारणार्थं टित आत्मनेपदानां टेरे सूत्रस्य कार्यं न भवति थासः से इति सूत्रेण थास् स्थाने से आदेशः भवति पश्चात् किं भवति पचस्व इति रूपं साधयतु पच इति अङ्गमस्ति
पच इति अङ्गमस्ति तत्र इदानीं से इति भवति अनन्तरं तत्र एकारः सकारात् परे अस्ति चेत् तत्र ए स्थाने व भवति व इति आदेशः भवति अतः तत्र सकार अनन्तरं व स्व इति प्रत्ययः निष्पन्नः भवति स्वाभ्यां वामो इति सूत्रेण अतः पच योग इदानीं पच् योग शप् योग स्व मध्ये तिष्ठति पच इति अङ्गं पचयोगस्व पचस्व इति प्रत्यय निष्पन्नं भवति
उत्तम प्रथमपुरुषप्रत्ययानां प्रसङ्गे आमेतः इति सूत्रं पठितवन्तः आमेतः इति सूत्रेण एकारस्य स्थाने आम् आदेशः भवति इति वयं पठितवन्तः तत् सूत्रं सामान्यसूत्रं तस्य सूत्रस्य कार्यम् अत्र भवति चेत् का समस्या जायते
अनिष्टरूपं भवति ए स्थाने आम् भवति चेत् साम् इति भवति अतः तत्र रूपम्
अनिष्टं
पचसाम् इति भवति रूपमस्ति पचस्व इति
पचस्व इति रूपमेव लोके अस्ति अत्र आम् आदेशः न भवति आमेतः सूत्रस्य कार्यम् अत्र न भवति आम् आदेशः भवति चेत् अथवा आमेतः सूत्राणि कार्यं भवति चेत् इष्टरूपसिद्धिः न भवति अतः आमेतः इति सूत्रं प्रबाध्य सवाभ्यां वामौ इति सूत्रेण वा आदेशः भवति सवाभ्यां विभक्तिः का महोदय वचनं किं सवाभ्यां
तत्र षष्ठी बहुवचन
पञ्चमी सवाभ्याम् इति पञ्चमी द्विवचनम् अस्ति भवान् पठतु सवाभ्यां वामौ इति सूत्रम् अधोभागे दत्तमस्ति
सवाभ्यां वामौ तृतीय अध्याये चतुर्थपादे एकनवतितमसूत्रं लोट् लकारस्य सकारात् वकाराच्च एकारस्य स्थाने क्रमेण व अम् इत्यनयोः आदेशः भवति आमेतः इत्यस्य अपवादः सश्च वश्च तयोरितरतिर्द्वन्द्वः स्वौ साभ्यां सवाभ्यां वश्च अं च तयोरितरतिर्द्वन्द्वः वामौ सवाभ्यां पञ्चमन्तं वामौ पञ्चमन्तं द्विपदमिदं सूत्रं लोटो लङ्वत्यस्मात् लोटः इत्यस्य अनुवृत्तिः आमेतः इत्यस्मात् एतः इत्यस्य अनुवृत्तिः लस्य इत्यस्य अधिकारः अनुच्छेदस्य सूत्रं लोटः लस्य स्वभ्याम् एतः वामौ अत्र लोट्लकारस्य सकारात् वकाराच्च पञ्चमी विभक्ति प्रयुक्तमस्ति इत्युक्ते सकारात् परं पञ्चमी इत्युक्ते परकार्यम् अतः सकारात् इत्युक्ते सकारात् परे वकारात् परे एकारस्य स्थाने यत् एकारः अस्ति तस्य स्थाने
परकार्यं भवति इति वक्तुं तत्र परिभाषासूत्रमस्ति खलु
तस्मिन् इति निर्दिष्टे पूर्वस्य तत्तु सप्तमीकृते
सप्तमी
तस्मादित्युत्तरस्य
तस्मादित्युत्तरस्य इति सूत्रेण वदतु
समीचीनं तस्मादित्युत्तरस्य तत्र तेन तत्र एकारस्य स्थाने वकारः अनन्तरम् आम् इति आदेशक्रमेण भवन्ति
सकारस्य स्थाने वकारस्य स्थाने इति अर्थः नास्ति सकारोत्तरवर्ती एकारस्य वकारोत्तरवर्ती एकारस्य वदतु
क्रमेण सकारोत्तरवर्ती एकारस्य स्थाने वकारोत्तरवर्ती एकारस्य स्थाने अम् इति आदेशः भवति
उत्तमम् इत्युक्ते अनेन सूत्रेण कार्यद्वयं भवति इत्युक्ते स्थलद्वये अनेन सूत्रेण कार्यं भवति इत्युक्ते मध्यमपुरुषे एकवचने मध्यमपुरुष बहुवचने अस्य सूत्रस्य कार्यमस्ति केवलम् अत्र एकारस्य स्थाने एव सः एकारः कुत्र अस्ति एकारात् पूर्वं किम् अस्ति इत्युक्ते कस्य वर्णस्य अनन्तरम् एकारः अस्ति इति द्रष्टव्यम् इत्युक्ते सकारोत्तरवर्ती एकारः अस्ति चेत् एकारस्य स्थाने वा आदेशः एवमेव वकारोत्तरवर्ती एकारः अस्ति चेत् सः एकारस्य स्थाने अम् आदेशः भवति इदं सूत्रम् आमेतः इत्यस्य अपवादः अपवादप्रसङ्गे किञ्चित् वदतु अस्मिन् प्रसङ्गे आमेतः सूत्रमपि आयाति सवाभ्यां वामौ इति सूत्रमपि एकस्मिन् समये कार्यं कर्तुम् उद्युक्तं भवति तदा बलाबलचिन्तनं करोतु
अत्र आमेत इति तस्यापि प्रसक्तिः अस्ति परन्तु तत् भवति चेत् तत्र अनिष्टरूपं भवति अतः तत्र तत्र यत्र यत्र एकारः अस्ति तत्र तत्र आमेत इत्यस्य प्रसक्तिः भवति अतः तत्र एतस्य सूत्रस्य स्वाभ्यां वामौ इत्यस्य निरवकाशं भवति अतः तत् न भवति इति अपवादसूत्रमस्ति तस्यैव कार्यं भवति अत्र
उत्तमं युगपत् एतयोः द्वयोः सूत्रयोः प्रसक्तिः अस्ति किन्तु कस्य प्राप्तिः भवति सवाभ्यां वामौ आमेतः अत्र आमेतः इति सामान्यसूत्रमस्ति सवाभ्यां वामौ इति विशेषसूत्रम् अपवादसूत्रमस्ति बलाबलचिन्तनं कुर्मः चेत् अत्र तु तुल्यबलविरोधः नास्ति किमर्थं वदामः तुल्यबलविरोधः नास्ति इति
तुल्यबलविरोधः नास्ति इत्युक्ते अन्यत्र अन्यत्र लब्धावकाशः नास्ति तत्र
कस्य कृते नास्ति सवाभ्यां वामौ इति सूत्रस्य कृते अन्यत्र लब्धावकाशः नास्ति आमेतः इति सूत्रस्य कृते कार्यक्षेत्रं बृहत् अस्ति तस्य कार्यम् अन्यत्र भवितुं शक्नोति किन्तु सवाभ्यां वामौ इति सूत्रस्य कार्यम् अत्र न भवति चेत् अन्यत्र तस्य कृते अवकाशः नास्ति अतः सवाभ्यां वामौ इति अपवादसूत्रस्य अपवादबलेन अत्र कार्यं भवति तित आत्मनेपदानां टेरे था सहसे अनयोः प्रसङ्गे अपि एतादृशं चिन्तनमेव करणीयं. भवान् वदतु तित आत्मनेपदानां टेरे था सहसे अनयोर्मध्ये बलाबलचिन्तनं.
तित आत्मनेपदानां टेरे इति सामान्यसूत्रमस्ति, तत् थासहसे इति विशिष्टसूत्रमस्ति. तित आत्मनेपदानम् इत्यस्य प्रसक्तिः सर्वत्र भवति, परन्तु थासहसे इति केवलं मध्यमपुरुषे एकवचने एव भवति. अतः तत्र एतत् कार्यं न करोति, तत् व्यर्थं भवति, निरवकाशं भवति इति कृत्वा अपवादसूत्रमस्ति.
उत्तमं. तित आत्मनेपदानां टेरे थासहसे अनयोर्मध्ये सामान्य अपवादसम्बन्धः अस्ति. अत्र थासहसे इति अपवादसूत्रमस्ति, तित आत्मनेपदानां टेरे सामान्यसूत्रमस्ति. एकवारं थासहसे इति सूत्रेण से आदेशः भवति चेत् से आदेशानन्तरं पुनः तत्र सूत्रद्वयम् आयाति, आमेतः सवाभ्यां वामौ. तत्रापि तादृशं चिन्तनमेव करणीयम्. इत्युक्ते आमेतः इति सामान्यसूत्रमस्ति, सवाभ्यां वामौ इति अपवादसूत्रमस्ति. तत्र तस्य सूत्रस्य अपवादबलेन वा इति आदेशः भवति, इत्यतः अचस्व इति रूपं साधयितुं शक्नुमः. सवाभ्यां वामौ इति सूत्रस्य विषये एकवारम् अनुवृत्तिसहितसूत्रं पठतु महोदय.
करपत्रं गतम्, इदानीं पुनः उद्घाटनं न कर्तुं शक्यते.
लोटः लस्य सवाभ्याम् एतः वामौ इति दत्तमस्ति. अत्र सवाभ्यां लोटः इति कथनेन लोट्लकारे इति, सवाभ्याम् इति पञ्चम्यन्तमस्ति, इत्युक्तस्मात् परं कार्यं भवति. एतः एतः स्थाने वामौ, वामौ इति प्रथमान्तमस्ति, द्विवचनरूपमस्ति. एकारस्य स्थाने वा आदेशः भवति, अम् आदेशः भवति इति क्रमेण इति लिखितमस्ति अस्मिन् सूत्रे. क्रमेण इति कथनेन तत्र परिभाषासूत्रं किम्?
यथासङ्ख्यम् अनुदेशः समानम्.
उत्तमम्. यथासङ्ख्यम् अनुदेशः समानाम् इति परिभाषासूत्रेण अत्र क्रमेण आदेशौ भवतः. पद्मनाभन् महोदय भवान् करोतु अग्रे. मध्यमपुरुषद्विवचनं,
मध्यमपुरुषद्विवचनम् आताम् अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्थम् आस्थाने हि, इथाम् आम् इति टि भागः, तस्य स्थाने एकारः, इते एकारस्य स्थाने आम् आदेशः भवति, इथाम् इति लोट् प्रत्ययः निष्पन्नः. अत्र मूलरूपम् अस्ति द्विवचनम् आताम्. अत्र आताम् अत्र आताम् इत्यस्य स्थाने टि भागः अस्ति अन्तिम आम्. अत्र तित आत्मनेपदानां टेरे इति सूत्रेण अत्र आते आत् टि शून्यकस्य स्थाने ये आदेशः भवति, अतः आते इति भवति. अत्र आमेतः इति सूत्रेण अत्र यत्र एकारः अस्ति तत्र आम् इति आदेशः भवति, अतः आताम् इति भवति. अनन्तरं
आमेतः कार्यम् अन्तिमसोपाने करोतु. आदौ टित आत्मनेपदानां टेरे इत्युक्ते टित् लकाररूपं साधयामः, लोट् लकाररूपं साधयामः, आत्मनेपदी प्रत्ययानं रूपं साधयामः. अतः टित आत्मनेपदानां टेरे इति सूत्रेण टि भागस्य स्थाने एकारादेशः भवति इति प्रथमं सोपानम्. पचेथाम् इत्यत्र पच इति अङ्गमस्ति, पच इति अङ्गम् अदन्तम् अस्ति. करोतु.
अत्र पच इति अङ्गमस्ति. अनन्तरम् अत्र आताम् इति मध्यमपुरुषद्विवचनमस्ति. अत्र प्रथमं तिङन्तशब्दप्रत्यय स्वीकुर्मः. अत्र अदन्तात् अङ्गात् परस्य आकारस्य स्थाने ई इकारः भवति. अत्र अतो इतः इति सूत्रेण ई आगमः भवति. अनन्तरम् ई अत्र ताम् इति अत्र अस्ति समीपं प्रथमतया स्वीकुर्मः. अत्र आताम् इति मूलरूपम् अस्ति. अत्र टि अथोन्त्यादि टि इति टि भागः अस्ति आम्. अनन्तरं तित टितो आत्मनेपदे तित आत्मनेपदानां तेरे इति सूत्रेण अत्र आम् इत्यस्य स्थाने एकारः भवति, अतः आते इति भवति. अनन्तरं आकारस्य स्थाने ई आदेशः भवति. अत्र ताम् ताद् इति वल् प्रत्यहारे अस्ति, अतः लोपो योर्वलि इत्यस्य सूत्रेण पूर्वम् अङ्गे अन्ति अङ्गे पूर्वं यदङ्गमस्ति अत्र अन्तिमवर्णस्य यकारस्य लोपः भवति, अतः इथाम् इति भवति. इतम् इति भवति, अनन्तरं पचयोगः इतां पचेताम् इति भवति.
उत्तमम्. इत्युक्ते अन्तिमसोपाने आमेतः इति सूत्रेण आम् आदेशः भवति इति वक्तुं शक्नुमः. मम अवगमनम् एवम् अस्ति, यथा महोदयेन उक्तम् अथाम् इति मूलप्रत्ययः अस्ति, मध्यमपुरुषद्विवचनप्रत्ययः, आत्मनेपदी प्रत्ययः अस्ति, अथाम् अस्ति. अथाम् इत्यत्र आम् इति टीसंज्ञकभागः अस्ति, अतः टितात्मनेपदानां टेरे इति सूत्रेण आम् इत्यस्मिन् स्थाने ये आदेशः भवति, टी भागस्य एकारादेशः भवति, तेन आथे
भवति.
आम् इति अन्ते अन्तिमसोपाने करोतु. किमर्थं चेत् तत् सूत्रम् अधुना पठितं, तस्मात् पूर्वम् आतोनितः लोपो व्योर्वलि ईदृशानि कार्याणि ज्ञातवन्तः. इथे इति रूपं सिद्ध्यति, अन्ततो गत्वा तत्र आमेतः इति सूत्रेण एकारस्य स्थाने आमादेशः भवति, तेन इथाम् इति रूपं भवति.
अनन्तरं पचयोग इतम् अत्र आद्गुणग इति सूत्रेण पूर्वपरयोगो गुणसंज्ञक भवति, पचेथाम् इति भवति.
पचेथाम् इति रूपं सिद्ध्यति. इत्युक्ते लट्लकारप्रसङ्गे इथे इति प्रत्ययं वयं दृष्टवन्तः, तादृशसोपानम् अत्रापि भवति. इत्युक्ते टितात्मनेपदानां टेरे इति सूत्रेण, अपि च आतोनितः लोपो व्योर्वलि, इमानि त्रीणि सूत्राणि आदौ कार्याणि कुर्वन्ति, तेन इथे इति रूपं सिद्ध्यति. अन्तिमसोपाने इथे इत्यस्मिन् स्थाने आमेतः इति सूत्रेण आम् आदेशः भवति, इत्यतः इथाम् इति रूपं सिद्ध्यति. पचयोगः इथाम् पचेथाम् तत्र गुणसन्धिकार्यमपि भवति. अग्रे भवान् एव करोतु अग्रे.
अत्र इदानीम् अत्र मूलरूपम् अस्ति, द्वम् एव अस्ति, अनन्तरम् अत्र टी संज्ञा अस्ति, टी संज्ञा अस्ति अहम्, अत्र आत्मने टित आत्मने पदानां तेरे इति अत्र द्वे इति भवति. अनन्तरम् अत्र सभाभ्यां वामम् इति सूत्रेण वकारात् परं यत् एकारः अस्ति तस्य स्थाने अम् आदेशः भवति. आमेतक इति सूत्रस्य प्रसक्तिः अस्ति, परन्तु आमेतक सर्वत्र भवति. इद् अपवादसूत्रमस्ति सभाभ्यां वामौ, अतः अत्र सूत्रस्य सूत्रं प्रपाद्य अत्र ध्वम् इति भवति.
उत्तमं. मूलप्रत्ययः ध्वम् अस्ति,
द्वे भवति. अनन्तरम् आमेतक अत्यस्य प्रसक्तिः अस्ति, परन्तु तत् प्रबाद्य सभाभ्यां वामम् इति सूत्रेण वकारात् परम् अम् आदेशः भवति.
उत्तमम्. आमेतः इति सामान्यसूत्रमस्ति, सभाभ्यां वामौ इति अपवादसूत्रमस्ति. अपवादबलेन आमेतः इति सूत्रस्य कार्यं प्रबाद्य सभाभ्यां वामौ इति सूत्रेण अम् आदेशः भवति, न तु आम्. सभाभ्यां वामौ इति सूत्रं किं वदति, तस्य प्रसक्तिः अत्र कथम् अस्ति?
अत्र सकारस्य सभाभ्यां वामौ इति सूत्रस्य अत्र सकारात् वकारात् परम् अनुवर्तिसहितसूत्रमस्ति, लोटलस्य सभाभ्यां यतः वामौ. अत्र लोट् लकारस्य सकारवकार सकारवकारयोः स्थाने एकारः एकनिमिषम्. अत्र वकार उत्तरवर्ति एकारस्य स्थाने अम् आदेशः भवति, सकार उत्तरवर्ति एकारस्य स्थाने व आदेशः भवति सवाभ्यां वामौ इति सूत्रेण.
तत्तु सम्यक्. पचध्वम् इति रूपसाधनवेलायां तत्र वकारोत्तरवर्ति एकारस्य स्थाने अम् आदेशः, सवाभ्यां वामौ इति सूत्रं मध्यमपुरुष एकवचने, मध्यमपुरुष बहुवचने
एव भवति.
भवति. उत्तमम्. अत्र मध्यमपुरुष बहुवचने रूपमस्ति, पचध्वम् अस्ति, द्वे इत्यत्र वकारोत्तरवर्ती एकारः अस्ति, तदर्थमेव सवाभ्याम् इति पञ्चम्यन्तम् उक्तम् अस्ति. वकारोत्तरवर्ती एकारस्य स्थाने अम् आदेशः भवति, तेन पचध्वम्, पचयोगः ध्वम् इति. महोदय भवान् वदतु, मूलप्रत्ययः ध्वम् अस्ति, सिद्धप्रत्ययः ध्वम् अस्ति, किमर्थम् एतत् सर्वं करणीयम्? एतानि सर्वाणि सूत्राणि उपयुज्य प्रक्रिया किमर्थं कृता?
मूलप्रत्यय सर्वेषु लकारेषु मूलप्रत्ययः द्वम् एव अस्ति द्वितीय मध्यमपुरुष बहुवचने, परन्तु लोट् लकारस्य यानि सूत्राणि सन्ति तानि स्वीकर्तव्यानि. अतः प्रथमं टी भागः अस्ति आम् इति टी भागे एकार द्वे इति भवति, अनन्तरम् आम् इति आमेतक इति सूत्रस्य प्रपाद्य सवाभ्यां मम इति सूत्रेण अम् इति आदेशः भवति, दम् इति भवति. सूत्राणां प्रयोगः अत्र इदानीं सूत्रस्य प्रयोगं न कुर्मः चेत् सवाभ्यां वामम् इत्यस्य प्रसक्तिः नास्ति, निरवकाशं भवति, व्यर्थं भवति इति कारणात् तत्र सूत्रस्य स्वीकरणीयम् अवश्यम् आवश्यकमिति अस्ति.
बहु सम्यक् उक्तवान् महोदय, भवान् जानाति एव. सुन्दरमहोदय, भवान् वदतु. मम प्रश्नः, मूलप्रत्ययः ध्वम् अस्ति, सिद्धप्रत्ययः ध्वम् अस्ति, तत्र भेदः नास्ति. अस्मिन् अवसरे किमर्थम् एवं रीत्या प्रक्रिया सर्वं करणीयं भवति? सूत्राणि उपयुज्य किमर्थं प्रक्रिया कृता अत्र? अत्र प्रक्रियायाः प्रयोजनं किमपि नास्ति वा? नो चेत् प्रक्रियायाः प्रयोजनम् अस्ति वा? मूलप्रत्ययः सिद्धप्रत्ययः अनयोर्मध्ये भेदः नास्ति.
आम्, प्रक्रियाः आवश्यकमस्ति. किमर्थं चेत् सवाभ्यां वामौ इति सूत्रम् उपयुज्य प्रथमं वकारः आगच्छति, तदनन्तरमेव एकारः आगच्छति, तदनन्तरं द्वम् इति आमेतः इति सूत्रेण सवाभ्यां वामौ इति सूत्रेण अम् इति आदेशः भवति. सो द्वं धकारस्य अनन्तरम् अम् इति आदेशः भूत्वा द्वम् इति अन्तिमं सिद्ध्यति.
कारणम् इतोपि समीचीनतया वक्तव्यं. नरसिंहहेग्डे महोदय, भवान् वदतु, अत्र कारणं किमस्ति? मूलप्रत्ययः ध्वं, सिद्धप्रत्ययः अपि ध्वं, तत्र किमर्थं प्रक्रिया एतत् सर्वं करणीयमस्ति? प्रक्रियायाः प्रयोजनं किमस्ति?
महोदय, एतस्य सूत्राणां प्रयोजन सूत्राणां व्यङ्गर्थं भवति खलु.
किमर्थम् एतत् सर्वं कृतम् अस्माभिः?
मम चिन्तनं वदामि अस्य कृते.
वदतु.
मम चिन्तनम् अस्ति यत् मूलप्रत्ययः अपि ध्वम्, इदानीं निष्पन्नप्रत्ययः अपि ध्वमेव अस्ति, तर्हि एतावत् किमर्थं करणीयम्? तर्हि प्रथम एव टित् आत्मनेपदानां तेरे इति सूत्रं किं वदति? टित् लकाराणां स्थाने विहितानाम् आत्मनेपदक पदसंज्ञकानां प्रत्ययानां टि भागस्य स्थाने एकारादेशः भवति. तर्हि अत्र सर्वत्र आत्मनेपदानां टित् लकाराणां कृते अस्ति, तेन आत्मनेपदकसंज्ञक आयाति चेत् तत्र टि भाग आयाति, टि भाग आयाति चेत् तस्य एकारः भवति. तर्हि एकारः भवति चेत् पुनश्च मूलध्वं कथम् आनयामः? अनन्तरं तस्य कृते एकं नूतनसूत्रस्य अपि निर्माणं जातं यत् सवाभ्यां वामौ. तर्हि अत्र तत् अपि निष्फलं भवति, किं वदामः, निष्फलं हा भवति. तस्य कृते अपि अन्यत् कार्यमपि नास्ति इदानीम् अत्र न कार्यं करोति चेत्, तेनापि एतत् सर्वम् अस्ति. अन्यथा टि भाग एव मम कृते तु अस्ति यत् टि आचोन्त्य अरे टि तु आत्मनेपदानां तेरे एतत् सूत्रम् अत्र कार्यं कर्तुम् आयाति. यदि वयं न कुर्मः चेत् अपि एतत् वक्तुं शक्नोति सूत्रं यत् अत्र मम कृते अवकाशः अस्ति, यदा वयम् अन्यत् न कुर्मः चेत्.
अत्र तु टित आत्मनेपदानां तेरे सूत्रस्य कृते निमित्तानि पूरितानि सन्ति इत्यतः टित आत्मनेपदानां तेरे इति सूत्रेण कार्यं कुर्मः, तेन टि भागस्य एकारादेशः भवति इति तु सत्यं. पश्चात् आमेतः सूत्रमपि अत्र आगच्छति, आमेतः इति सूत्रमपि अत्र आगच्छति, किन्तु आमेतः सूत्रं स्वीकृत्य कार्यं कर्तुम् उद्युक्तं भवामः चेत् तत्र अनिष्टरूपापत्तिः अस्ति, अतः सवाभ्यां वामौ इति सूत्रेण कार्यं कुर्मः. इत्युक्ते चिन्तनं किम् अस्ति इत्युक्ते, सूत्रं पर्जन्यवत्, शास्त्रं पर्जन्यवत् प्रवर्तते, पर्जन्यवत् सूत्रप्रवृत्तिः इति नियमः अस्ति. इत्युक्ते पर्जन्यः सर्वत्र गच्छति, तेन वृष्टिः भवति. यत्र यत्र जलमस्ति तत्रापि वृष्टिः पतति, यत्र यत्र जलं नास्ति तत्रापि वृष्टिः पतति. इत्युक्ते पर्जन्यस्य कारणेन वृष्टिः समुद्रे अपि पतति, नद्यामपि पतति, सर्वत्र पतति. जलम् अस्ति चेदपि पतति, पर्जन्यात् जलं सर्वत्र पतति एवमेव सूत्राणि पर्जन्यवत् भवन्ति इत्युक्ते यत्र यत्र सूत्रस्य कृते निमित्तानि पूरितानि सन्ति तत्र तत्र तत्सम्बद्धानि सर्वाणि सूत्राणि प्रसक्तानि भवन्ति इत्युक्ते अत्र तेत आत्मनेपदानां टेरे सूत्रमपि आगच्छति आमेतः सूत्रमपि आगच्छति कार्यं कर्तुम् उद्युक्तं भवति किन्तु आमेतः इति सूत्रेण कार्यं कुर्मः चेत् तत्र अनिष्टरूपापत्तिः भवति आमेतः इति सूत्रं किं वदति एतः स्थाने आम् आदेशः भवति इति वदति तदा कार्यं कुर्मः चेत् अत्र द्वाम् इति प्रत्ययस्य निर्माणं भवति पचद्वाम् वन्दध्वाम् इति अनिष्टरूपाणि सिद्ध्यन्ति अतः अत्र नूतनसूत्रस्य आवश्यकता अस्ति अतः सवाभ्यां वामौ इति सूत्रं नूतनसूत्रम् अपवादसूत्रम् उपयुज्य कार्यं कुर्मः तेन अम् आदेशः भवति अत्र स्थितात्मनेपदानां तेरे आमेतः इति अनयोः सूत्रयोः कृते निमित्तानि सर्वाणि पूरितानि सन्ति इत्यतः सूत्रं पर्जन्यवत् प्रवर्तते इत्यतः तत् सूत्रं तत्र आयाति एव अतः प्रक्रिया करणीया एव अन्ततो गत्वा पुनः ध्वम् इति प्रत्ययः एव आयाति भवती वदतु मनीषा भगिनी
आम् आचार्य आम् आमां किमस्ति तत् पर्जन्यवत् किमस्ति बहु सुन्दरमस्ति तत् किमस्ति
कुत्र द्रष्टुं शक्यते पर्जन्यवत् प्रवर्तते एतत्
श्रुतवती महोदय ध्वनिमुद्रणं श्रुतवती सूत्रप्रवृत्तिः पर्जन्यवत् भवति तादृशरीत्या इत्युक्ते आमेतः सूत्रम् उपयुज्य कार्यं कुर्मः चेत् ध्वाम् इति रूपम् अनिष्टं रूपं प्राप्नुमः वन्दध्वाम् पचद्वाम् इति रूपं प्राप्तुं शक्नुमः किन्तु तादृशं रूपं लोके नास्ति तद्रूपम् अनिष्टं रूपम् अतः सवाभ्यां वामौ इति सूत्रं स्वीकृत्य अपवादसूत्रेण कार्यं कुर्मः तेन अम् आदेशः भवति तेन ध्वम् इति सिद्धप्रत्ययस्य निर्माणं भवति पचयोगः ध्वं पचध्वम् इति रूपं सिद्ध्यति यद्यपि अत्र मूलप्रत्ययः सिद्धप्रत्ययः द्वयमपि समानमेव किन्तु तथापि प्रक्रिया करणीया एव अपि च उत्तमपुरुषप्रत्ययानां प्रसङ्गे इतोपि चिन्तनम् अस्ति अतः अत्र स्थगयामः सत्यभामा भगिनी भवती वदतु वन्दध्वं रूपं साधयतु
अत्रापि वन्दध्वम् इति मध्यमपुरुषबहुवचनप्रत्ययः अस्ति ध्वम् इति वन्द् इति धातुः अस्ति अत्र वन्द्
वन्द् धातुः वदिं इदित् धातुः
इदिदानं धातोः इत्यनेन नुमागमः भवति खलु तत्र
औपदेशिकधातुः वदिं इदित् धातुः अस्ति लौकिकधातुः वन्द् अस्ति वन्द् धातुं स्वीकृत्य वन्दध्वं निर्मातु
वन्दध्वम् अत्र उत्तम मध्यमपुरुषबहुवचनप्रत्ययः अस्ति तर्हि तत्र किम् आयास्ति ध्वम् इति अस्माकं मूलप्रत्ययः अस्ति तर्हि किं भवति इदिदौनं धातोः इत्यनेन अनुमागमः भवति तर्हि इदानीं मूलरूपं धातोः वन्द् इति अस्ति भुवादिगणीयधातुः अस्ति खलु तदपि तर्हि शप् आयाति कर्तरि शप् इत्यनेन तर्हि वन्द् योगः निरनुबन्धरूपमस्ति अकारः वन्द् योगः आ इति अस्ति इदानीम् अत्र प्रत्ययसिद्धिः करणीयं भगिनि अथवा द्वे इति ध्वम् इति अत्र टीपकस्य स्थितात्मनेपदानटेरे इत्यनेन अम् इति त्वम् इत्यत्र अन्तिम अकारः वकारोत्रवस्ति अकारः मकारः अस्ति अस्य भागस्य धिभागः इति वदामः अस्य स्थाने ए इति आदेशः भवति तर्हि द्वे इति भवति पुनः अत्र आमेदः इत्यनेन एतः स्थाने अम् आदेशः भवति वा
तत्र चिन्तने किम् अस्ति निमित्तानि पूरितानि सन्ति इत्यतः आमेतः सूत्रमपि कार्यं कर्तुम् आगन्तुं शक्नोति किन्तु आमेतः इति सूत्रम् उपयुज्य कार्यं कुर्मः चेत् एकारस्य स्थाने आम् आदेशः भवति चेत् तत्र द्वाम् इति प्रत्ययः प्रत्ययस्य अनिष्टं रूपं सिद्ध्यति अतः आमेतः इति सूत्रं सामान्यसूत्रं प्रबाध्य सवाभ्यां वामौ
सवाभ्यां वामौ इत्यनेन अम् आदेशः भवति न तु आम् त्वम् इति भवति रूपं तर्हि सवाभ्यां वामौ इत्यनेन अम् आदेशः भवति वकारोत्तरवर्ति अम् इति भवति तर्हि वन्दयोगः अम् इति भवति वन्दयोगः ध्वम् इति क्षम्यता वन्दयोगः आयोगः ध्वम् इति अस्ति वन्दध्वम् इति भवति
अत्र पुनः सन्धिकार्यं भवति खलु वन्द इत्यत्र
किमर्थं वन्दयुगः ध्वं
वन्दध्वं तद् रूपं तदेव रूपम्
इत्युक्ते अत्र सन्धिकार्यस्य अवसरः नास्ति वन्द इति अङ्गमस्ति वन्द् योगः आ वन्द इति अदन्तम् अङ्गमस्ति भुवादिगणे अस्ति इति कारणतः अदन्तम् अङ्गमस्ति ध्वम् इति सिद्धप्रत्ययः अस्ति सुन्दरमहोदय भवान् वदतु वदिम् इति धातुतः वन्द् इति लौकिकधातोः निर्माणं करोतु
अत्र वदिम् वदिम् इति धातुः इति धातुः अस्ति अत्र अनुनासिक इकारः औपदेशिकसूत्रेण अनुवादि इकारस्य मित् अस्ति इति कारणतः मितुचोन्त्यात् परः इति सूत्रेण अन्त्यात् अचः परः नकारः आगच्छति नुमागमः आगच्छति नुमागमः आगच्छति इति कारणतः अन्त्यः अकारः व इत्यस्य अस्ति वकारस्य अकारस्य अनन्तरं नकारः आगच्छति वन्द् वन्द् इति रूपम् अस्ति तदनन्तरं
मनीषा भगिनी भवती वक्तुमिच्छति वा वदिम् इति धातुः इदित् धातुः अस्ति इदित् इति कथनेन कः अर्थः
इदित् धातुः अस्ति चेत् तस्य नुमागमः भवति हा इत् यस्य इत् अस्ति तस्य इतसंज्ञा भूत्वा लोपः भवति तेन तत्र नकारस्य नुम् इति आगमः भवति तर्हि नुम् इति आगमः मित् अस्ति तेन स्वरो अच् अन्तिम अच् अस्ति तस्मात् पूर्वम् आयाति तर्हि अत्र वन्दी भवति न वन्दी वन्द भवति न
वदिम् इति धातुः अस्ति सः धातुः इदित् अस्ति इत्युक्ते तत्र ह्रस्व इकारः इत्संज्ञकः तेन ह्रस्व इकारः इत्संज्ञकः अस्ति चेत् उपदेशजनुनासिके इति इत्यनेन सः इकारः इत्संज्ञक भूत्वा अपगच्छति वद् भवति तत्र धातुः इदित् अस्ति इति कारणतः इदितो नुम् धातोः इति सूत्रेण नुमागमः भवति सः नुमागमः नुम् आगमः मित् अस्ति इति कारणतः मिदचोन्त्यात् परः इति सूत्रेण अन्तिम अचुवर्णस्य अनन्तरम् आयाति वद् इत्यत्र वकारोत्तरवर्ति अकारात् परं नुमागमः भवति नुम् इत्यत्र मकारः इत्संज्ञकः उकारः उच्चारणार्थः नकारः एव तिष्ठति तत्र वन्द् इति रूपं सिध्यति इत्युक्ते तत्र दन्त्यनकारः आयाति पश्चात् किं वक्तव्यम्
पश्चात् वन्द् इति भवति इदानीं धातु
सन्धिकार्याणि करणीयानि
अत्र तु सन्धिकार्याणि वन्द इति धातु तथा तद् आम् अस्ति तर्हि अत्र नष्टपदान्तश्च झलि इत्यनेन प्रथमम् अनुस्वारः भवति अनन्तरम् अनुस्वारः भवति अनन्तरम् अनुस्वारस्य ये परसवर्णः इत्यनेन अत्र परसवर्णादेशः भवति तवर्गीयदकारः अस्ति तेन अत्र नकार पुनश्च एव आयाति
उत्तमं तत्र रूपभेदः नास्ति चेदपि
सन्धिकार्यं तु भवति एव तत्र अभवत् इत्युक्ते
उत्तमं सन्धिकार्यात् पूर्वमपि वन्द् इति अस्ति दन्त्यनकारयुक्तं रूपमेव अस्ति पश्चादपि सन्धिकार्याणाम् अनन्तरमपि दन्त्यनकारयुक्तं रूपमेव सिद्ध्यति तथापि प्रक्रिया करणीया एव
यत्र पर्जन्यवत् इति पूर्वं भवति उक्तवती तादृशमेव अत्रापि सन्धिरूपं समानं भवति चेत् करणीयमेव
तर्हि वृत्तस्य सूत्रद्वयम् आनयामः नश्च वदन्तस्य जलि अनुसरसि परसु
बहु सम्यक् उत्तमपुरुषप्रत्ययानां प्रसङ्गे अग्रिमे सप्ताहे चिन्तनं करिष्यामः तत्र इतोपि नूतनानि सूत्राणि सन्ति एत ऐ इति सूत्रमस्ति आडुत्तमस्य पिच्च इति सूत्रं वयं पूर्वं पठितवन्तः इतोपि नूतनानि सूत्राणि अपेक्षितानि भवन्ति समयाभावात् अधुना विरमाम अग्रिमे सप्ताहे तेषां चिन्तनं भविष्यति इदानीम् अत्र स्थगयामः सर्वेषां धन्यवादाः